सर्वेषां पाणिनिव्याकरणवर्गं प्रति स्वागतम्। आदौ मङ्गलाचरणं कुर्मः। येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। येन धौता गिरः पुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नम् तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। अस्तु, प्रवर्तमानः पाठः लोट्लकारे तिङ्प्रत्ययानां सिद्धिः। पाठः तु समाप्यमानः अस्ति। अद्यतनवर्गे पाठं समापयितुं प्रयत्नं कुर्मः। पूर्वस्मिन् वर्गे लोट्लकारप्रसङ्गे तातङ्ग आदेशः भवति इति पठितं। तुह्योस्तातङ्ग आसीषण्यतरस्याम् इति सूत्रेण आशीर्वादार्थे विकल्पेन तु हि इत्यनयोः प्रत्ययोः स्थाने तातङ्गादेशः भवति इति पठितं। तु प्रत्ययस्य ऊकारस्य स्थाने तातादेशः भवति वा, हि प्रत्ययस्य ईकारस्य स्थाने तातादेशः भवति वा, नो चेत् सम्पूर्णप्रत्ययस्य स्थाने तातादेशः भवति वा इति अस्माकं पुरतः प्रश्नः अस्ति। तातङ्गादेशः विकल्पेन आशीर्वादार्थे भवति। तातङ्ग् इति प्रत्ययः अस्ति। तातङ्ग् इत्यत्र अनुबन्धलोपानन्तरं तात् अवशिष्यते। तात् इत्यस्य प्रत्ययत्वं कथं प्राप्यते इति अपि ज्ञातव्यम्। तातङ्ग आदेशे प्रत्ययत्वं कथं सिध्यति इति एकवारं स्मारयामि। तु स्थाने तातादेशः भवति, हि स्थाने तातादेशः भवति इति पठितं। तु इति कुतः आगतः? तिप् इति मूलप्रत्ययः अस्ति खलु। तिप् इति मूलप्रत्ययस्य इकारस्य स्थाने एरुः इति सूत्रेण तु इति रूपम् आगतम्। इत्युक्ते मूलतः तिप् इति प्रत्ययः अस्ति, मूले एव तिप् इत्यस्मिन् प्रत्ययत्वम् अस्ति। तु इति अपि प्रत्ययः एव, अपि च तु स्थाने तात् आगतः खलु, अतः तात् इत्यस्मिन् अपि तत् प्रत्ययत्वम् अध्यारोप्यते। इत्युक्ते प्रत्ययत्वं यत् मूले अस्ति तादृशप्रत्ययत्वम् आदेशे अपि अध्यारोपितं भवति इति अवगन्तव्यम्। किमर्थम् अयं विषयः स्मर्तव्यः इत्युक्ते तातङ्ग् इति प्रत्ययः अस्ति इति कारणतः प्रत्ययं निमित्तीकृत्य कानिचन अङ्गकार्याणि भवन्ति खलु, प्रत्ययम् आश्रित्य कानिचन अङ्गकार्याणि भवन्ति खलु। अङ्गं धातुः अस्ति चेत् धातौ अङ्गकार्याणि, धातुरूपी अङ्गे प्रत्ययं निमित्तीकृत्य अङ्गकार्याणि भवन्ति खलु। कीदृशानि अङ्गकार्याणि इति अग्रे वयं पश्यामः। किन्तु तु इति प्रत्यये यत् प्रत्ययत्वम् अस्ति, तत् प्रत्ययत्वं स्थानिवदादेशो अनल्विधौ इति सूत्रेण तातङ्ग् प्रत्यये अपि अध्यारोपितं भवति इति स्मर्तव्यः अंशः। तात् इति आदेशे अपि प्रत्ययत्वम् अध्यारोपितं भवति स्थानिवदादेशो अनल्विधौ इति सूत्रम् अग्रे आयास्यति। तस्य अर्थः कः इत्युक्ते स्थानिनि ये ये गुणधर्माः सन्ति ते गुणधर्माः आदेशे अपि अध्यारोपितं भवति। तात् इत्यस्य प्रत्ययत्वम् अस्ति, तात् इति आदेशः तस्मिन् प्रत्ययत्वम् अस्ति। तात् इति आदेशः अनेकालादेशः, अनेकालादेशः अस्ति इति कारणतः अनेकाल्षित् सर्वस्य इति सूत्रेण सर्वादेशः भवति वा। तात् आदेशः अनेकाल्चेदपि नित्यपि अस्ति, अतः निच्च इति सूत्रेण अन्तादेशः भवति वा इति तत्र चिन्तनमस्ति। अनेकाल्षित् सर्वस्य इति सूत्रस्य कृते निच्च इति सूत्रम् अपवादसूत्रम् अस्ति। तातङ्गादेशः अनेकालु नित् इत्यतः निच्च इति सूत्रेण अन्तादेशं कुर्मः चेत् तत्र अनिष्टरूपापत्तिः भवति। इत्युक्ते निच्च इति सूत्रेण तु इत्यत्र अन्तिम उकारस्य स्थाने तात् आदेशः भवति, हि इत्यत्र अन्तिम इकारस्य निच्च इति सूत्रेण अन्तादेशं कुर्मः चेत् पुनः तत्र अनिष्टरूपप्राप्तिः भवति। तत्र तादृशी समस्या अस्ति। तस्य समाधानं प्राप्तुं सिद्धान्तकौमुद्यां विशेषचिन्तनं दत्तमस्ति, विशेषतर्कः उच्यते। एतावत्पर्यन्तं यत् मया उक्तं तत् सर्वं सामान्यचिन्तनं, किन्तु अत्र विशेषतर्कः उक्तः अस्ति सिद्धान्तकौमुद्याम्। इत्युक्ते सिद्धान्तकौमुद्यां विशेषचिन्तनं दत्तमस्ति अस्य प्रश्नस्य समाधानं प्राप्तुम्। उदाहरणत्वेन अवगन्तव्यं, तत्र उदाहरणानि अपि दत्तानि। अस्य प्रश्नस्य समाधानं प्राप्तुम् इत्युक्ते निच्च इति सूत्रस्य प्राप्तिः तातङ्गविषये किमर्थं न भवति, निच्चसूत्रस्य प्राप्तिः कुत्र भवति, तातङ्गप्रसङ्गे किमर्थं न भवति, एतत् सर्वम् अवगन्तुं तत्र किम् उक्तमस्ति. निच्च इति सूत्रस्य प्राप्तिः अनङ्गादिषु भवति, अनन्यार्थनित्वेषु भवति इति उक्तमस्ति. अनङ्गादिषु निच्चसूत्रस्य प्राप्तिः भवति इति अवगन्तुं तदर्थम् एकं सूत्रं तत्र दत्तमस्ति, अस्ति दधि सख्यक्ष्णाम् अनङ्गुदात्तः इति सूत्रमस्ति. तत् सूत्रं पूर्वस्मिन् वर्गे वयं पठितवन्तः. तत् सूत्रं विधिसूत्रमस्ति. तस्य सूत्रस्य कार्यार्थं निच्च इति परिभाषासूत्रम् आवश्यकमस्ति. निच्च इति परिभाषासूत्रस्य साहाय्येन अन्तिमवर्णस्य स्थाने एव अन् आदेशः भवति इति पठितं. सूत्रस्य विषये सम्पूर्णतया गते वर्गे एव वयं पठितवन्तः, किन्तु एकं विषयं स्मारयितुम् इच्छामि. लेखनावसरे सूत्रं पश्यामश्चेत् अस्ति दधि सक्त्यक्ष्णाम् अनङ्गुदात्तः इति सूत्रमस्ति खलु, तत् सूत्रम् एकवारं पश्यामश्चेत् अस्मिन् सूत्रे किमर्थं नमुडागमसन्धिकार्यं न भवति, नमुडागमसन्धिकार्यं किमर्थं न दृश्यते इति प्रश्नः उदेति. इत्युक्ते नमुडागमसन्धिः भवति चेत् लेखनावसरे स्पष्टतया अवगन्तुं शक्नुमः. द्विवारं ञकारः तस्मिन् सूत्रे किमर्थं न दृश्यते, नमुडागमसन्धिकार्यं भवितुं तत्र सर्वाणि निमित्तानि, सन्धिकार्यार्थं निमित्तानि पूरितानि सन्ति चेदपि तस्मिन् सूत्रे अस्ति दधि सक्त्यक्ष्णाम् अनङ्गुदात्तः, अनङ् उदात्तः अनयोर्मध्ये तत्र नमुडागमसन्धिकार्यं भवितुं तत्र निमित्तानि पूरितानि सन्ति चेदपि नमुडागमसन्धिकार्यं न दृश्यते. किमर्थं तथा इति प्रश्नः उदेति. किमर्थं चेत् सूत्राणि छन्दोवद् भवन्ति, अपि च सूत्रेषु सन्धिकार्याणि करणीयानि एव इति नियमः तु नास्ति. सर्वेषु सूत्रेषु सन्धिकार्यं कृत्वा एव रूपं लेखनीयम् इति नियमः तु नास्ति. सन्धिकार्यम् अकृत्वा तद्रूपं लिखितमस्ति, तत्र सन्धिकार्यं नास्ति इति एकः विषयः अस्ति. अपि च अस्ति दधि सक्त्यक्ष्णाम् अनङ्गुदात्तः इत्यस्मिन् विधिसूत्रे सूत्रस्य कार्यार्थं निच्च इति परिभाषासूत्रस्य साहाय्यम् अपेक्षितमस्ति. इत्युक्ते अनङ्गादिषु निच्चसूत्रस्य प्राप्तिः भवति. सारांशः कः इत्युक्ते, येषु येषु सूत्रेषु नित्वादेशः भवति अथवा यत्र यत्र नित्वादेशः भवति, अपि च नित्वादेशस्य एकमेव प्रयोजनम् अस्ति, तत् प्रयोजनम् अन्तादेशः एव, तेषु सन्दर्भेषु एव निच्चसूत्रस्य प्राप्तिः भवति. अन्येषु स्थलेषु यत्र नित्वादेशस्य बहूनि प्रयोजनानि सन्ति, यत्र यत्र नित्वादेशस्य बहूनि प्रयोजनानि सन्ति तत्र निच्च इति सूत्रस्य प्राप्तिर्न भवति इति तत्र सारांशः अस्ति. निच्चसूत्रस्य प्राप्तिः अथवा साफल्यम् अनङ्गादिषु भवति, अनङ्गादिषु भवति इति अवगन्तुमेव तत् सूत्रं पठितवन्तः. अस्ति दधि सक्त्यक्ष्णाम् अनङ्गुदात्तः सूत्रं पठितवन्तः. अपि च अनन्यार्थनित्वेषु अपि निच्चसूत्रस्य प्राप्तिः भवति इति अवगन्तव्यम्. तातङ्प्रसङ्गे अनन्यार्थनित्वम् अस्ति वा, तादृशस्थितिः अस्ति वा इति स्पष्टतया ज्ञातव्यम्. तातङ्प्रसङ्गे तादृशी स्थितिः नास्ति. तातङ्गादेशः अनेकाल् अपि च नित् अस्ति. तातङ्ग् इत्यत्र नित्वादेशस्य बहूनि प्रयोजनानि सन्ति, अन्यानि बहूनि प्रयोजनानि सन्ति. इत्युक्ते तातङ्ग् इत्यत्र अनन्यार्थनित्वं नास्ति. इत्युक्ते तातङ्ग् इत्यत्र नित्वादेशस्य अन्ये अर्थाः अपि सन्ति, तातङ्ग् इत्यस्मिन् नित्वस्य अन्यानि प्रयोजनानि सन्ति. तानि अन्यानि प्रयोजनानि कानि इत्युक्ते, प्रथमं प्रयोजनं गुणनिषेधः, तस्मिन् प्रसङ्गे गते वर्गे एव वयं पठितवन्तः. तत्र द्विष् इति धातुः अस्ति, द्विष् धातुः अदादिगणे अस्ति, अप्रीतौ इत्यस्मिन् अर्थे अस्ति. द्विष् धातोः लोट् लकार प्रथमपुरुष एकवचनरूपम् अथवा लोट् लकार मध्यमपुरुष एकवचनरूपम्, द्वयोः प्रसङ्गे रूपं साधयितुम् इच्छामश्चेत् द्विष् योगः तात् इति रूपम् अस्ति. तात् इति प्रत्यये नित्वम् अस्ति. अस्मिन् सन्दर्भे गुणनिषेधः अपेक्षितः. लोके किं रूपमस्ति? द्विष्टात् इति रूपमस्ति. द्विष् इति धातुः इगुपद्धधातुः, तत्र गुणनिषेधः आवश्यकः. तातङ्ग् इत्यस्मिन् नित्वमस्ति इति कारणतः नित्वस्य अन्यत् प्रयोजनम् अत्र गुणनिषेधः अस्ति. गुणनिषेधः इति प्रयोजनम्, अन्यत् प्रयोजनम् अस्मिन् सन्दर्भे अस्ति इति कारणतः अत्र अनन्यार्थनित्वं नास्ति इत्युक्ते नित्वादेशस्य अन्ये अर्थाः सन्ति अथवा अन्यानि प्रयोजनानि सन्ति इति अवगन्तव्यम् अतः अस्मिन् सन्दर्भे नित्यसूत्रेण कार्यं न भवति इत्युक्ते नित्य इति सूत्रेण अन्तादेशः न भवति नित्यसूत्रस्य कार्यं कुत्र भवति इति प्रश्ने सति यत्र यत्र अन्तादेशः इति एकमेव विशिष्टं प्रयोजनम् अस्ति तत्र एव नित्यसूत्रस्य प्राप्तिः भवति तातङ्प्रसङ्गे गुणनिषेधः इति अन्यत् प्रयोजनम् अपि अत्र अस्ति इति कारणतः निश्चयितसूत्रस्य कार्यं न भवति तदेव भिन्नरीत्या वक्तुमिच्छामि तातङ् इत्यत्र अनन्यार्थनित्वं नास्ति नित्वस्य अन्यत् प्रयोजनम् अस्ति अथवा अन्यानि प्रयोजनानि सन्ति अन्यानि प्रयोजनानि कानि इत्युक्ते गुणनिषेधः वृद्धिनिषेधः सम्प्रसारणम् ईडागमनिषेधः इत्यादीनि अन्यानि बहूनि प्रयोजनानि नित्वादेशस्य कृते तातङ् प्रसङ्गे सन्ति इत्युक्ते तातङ् इत्यत्र नित्वस्य अपराणि प्रयोजनानि सन्ति इत्यतः नित्यसूत्रस्य प्राप्तिर्न भवति अतः अनेकाल्षित सर्वस्य इति सूत्रेण एव तत्र सर्वादेशः भूत्वा समीचीनं रूपं सिध्यति इति तत्र विषयः पूर्वस्मिन् वर्गे गुणनिषेधः इत्यस्मिन् प्रसङ्गे वयं द्विष् धातोः उदाहरणं स्वीकृत्य पठितवन्तः अद्य द्वितीयं प्रयोजनं वृद्धिनिषेधः इति प्रयोजनं तस्मिन् प्रसङ्गे स्तू धातोः उदाहरणं दत्तमस्ति तस्मात् आरभ्य पठेम लोट्लकार प्रथमपुरुषे एकवचनम् अथवा मध्यमपुरुषे एकवचनं स्तुतात् अस्ति अपि च तत्र रूपद्वयं सिध्यति खलु विकल्पेन स्तौतु इति एकं रूपम् अस्ति स्तुतात् इति अन्यद्रूपम् अस्ति द्वितीयं प्रयोजनं वृद्धिनिषेधः तस्मात् आरभ्य पठेम सत्यभामा भगिनी भवती आरम्भं करोतु
द्वितीयं प्रयोजनं
तदपि भवति महोदय तत् स्तुतादपि तृतीयरूपं भूत्वा स्तुताद्
वृद्धिनिषेधः
नरसिंह हेग्डे महोदय भवान् पठतु
द्वितीयप्रयोजनं वृद्धिनिषेधः वृद्धिविषये स्तू धातुः अदादिगणे स्तूयोगत्वात् इति स्थितौ उतो वृद्धिर्लुकि हलि इत्यनेन सार्वधातुकार्धधातुकयोः इति सूत्रं प्रबाद्य वृद्धिम् आदिशति परन्तु तातङ् नित् अतः निति च इति सूत्रेण वृद्धिनिषेधः स्तू योगतातङ् स्तुतात् अत्र तातङ् इत्यत्र नित् इति तस्य द्वितीयप्रयोजनं दत्तमस्ति वृद्धिनिषेधः इति प्रथमे वयं दृष्टवन्तः गुणनिषेधः इदानीं वृद्धिनिषेधः इदानीं स्तू धातु दादिगणे अस्ति अतः तत्र स्तूयोगत्तात् इति स्थितौ अत्र किं भवति अत्र तु विकरणप्रत्यये तु नास्ति स्तूयोगतात् इति विशिष्टसूत्रमस्ति उतो वृद्धिर्लुकि हलि इत्यनेन सार्वधातुकाय अर्धधातुकयोः इति सूत्रं प्रबाद्य तत्र वृद्धिम् आदिशति तत्र उतो वृद्धिर्लुकि हलि इत्यनेन सार्वधातुकार्धधातुक इत्यनेन गुणः भवेत् स्तू इति इगन्त अङ्गम् अस्ति तात् इति अर्धधातुकप्रत्ययः अस्ति परन्तु तत्प्रवाद्य उतो वृद्धिर्लुकि हलि इति सूत्रेण वृद्धिः भवितुम् अर्हति परन्तु तत्र तातङ् इति नित् अतः नितिच इति सूत्रेण तस्य निषेधः भवति अतः न गुणः भवति न वृद्धिः भवति तत्र स्तूयोगतातङ् स्तुतात् इति एव भवति महोदय
उत्तमम् तू प्रत्ययान्तरूपं किमस्ति लोट्लकारे लोट्लकारे रूपद्वयं सिध्यति खलु स्तौतु स्तौतु इति रूपं कथं सिध्यति
अतः पित् अस्ति अतः तत्र कार्यं करोति उतोर्धिर्लुकि हलि इति तत्र उकारस्य वृद्धिः भूत्वा स्तौ भवति अनन्तरं तु इति प्रत्ययः स्तौतु इति भवति
उत्तमम् अत्र सार्वधातुक अर्धधातुकयोः इति पूर्वसूत्रमस्ति उतो वृद्धिर्लुकि हलि इति परसूत्रम् अस्ति स्तु इति धातुः उकारः अन्ते अस्ति खलु इगन्तम् अङ्गम् अस्ति स्तु इति इगन्तम् अङ्गम् अस्ति अतः सार्वधातुकार्धधातुकयोः इति सूत्रेण गुणकार्यं भवितुम् अर्हति किन्तु सार्वधातुकार्धधातुकयोः इति सूत्रं प्रबाध्य उतो वृद्धिर्लुकि हलि इति सूत्रेण वृद्धि आदेशः भवति अतः स्तु इत्यस्य रूपं स्तौ भवति स्तौ योगः तु स्तौतु इति एकं रूपम् अस्ति लोट्लकारे प्रथमपुरुषे एकवचने तद्रूपम् अस्ति स्तौतु अन्यत् रूपं स्तुतात् अस्ति वदतु
लट्लकारे स्तौति इति अपि तादृशमेव
लट्लकारे द्विवचनरूपं किमस्ति
स्तुतः
स्तुतः तत्र किमर्थं गुणकार्यं नास्ति
स इति अपि प्रत्ययः अस्ति अतः तत्र निति सूत्रेण तस्य बाधकं भवति
उत्तमम् इत्युक्ते स्तौति इत्यत्र उतो वृद्धिर्लुकि हलि इति सूत्रेण वृद्धिकार्यं भवति अतः स्तु इत्यस्य उकारस्य वृद्धिकार्यं भूत्वा स्तौ भवति स्तौ योगः ति स्तौति इति एकवचनरूपं द्विवचनरूपं स्तु योगः तः स्तुतः स्तुवन्ति इति बहुवचनरूपम् अस्ति किन्तु अत्र उतो वृद्धिर्लुकि हलि इति दत्तमस्ति तस्मिन् प्रसङ्गे किञ्चित् वदतु पदानि दृष्ट्वा
उतोद्दिलुक् इत्युक्ते उत्तिति तत्र उकारस्य परकरणं कृतमस्ति यत्र उकारः अस्ति ऋस्वकारः अस्ति तस्य परे तत्र अनन्तरं लुक् अपि अस्ति
अदादिगणे विकरणप्रत्ययस्य लुक् भवति खलु
लुक् भवति अनन्तरं हलि अपि अस्ति तत्र परे तत्र प्रत्ययः
हलादिः भवेत्
तादृशस्थितौ उकारस्य वृद्धिः भवति इति
उत्तमम् अत्र उतः इति कथनेन उकारान्तम् अङ्गं स्यात् इति अर्थः अस्ति इत्युक्ते अदादिगणे केचन धातवः सन्ति उकारान्तधातवः यु नु स्तु इत्यादयः धातवः सन्ति नु धातोः रूपं नौति यु अस्ति चेत् यौति स्तु अस्ति चेत् स्तौति इत्यादीनि लट्लकाररूपाणि सन्ति इत्युक्ते अदादिगणे उकारान्तधातवः केचन सन्ति इत्युक्ते उकारान्तम् अङ्गमस्ति चेत् हलादिपित्तिप्रत्यये परे एव वृद्धिकार्यं भवति अतः एव स्तौति इत्यत्र तिप् प्रत्ययः पित् अस्ति खलु अतः तत्र वृद्धिकार्यं भवति उतौ वृद्धिर्लुकि हलि इति सूत्रेण इत्युक्ते उकारान्तस्य अङ्गस्य वृद्धिः भवति हलादिपित्ति प्रत्यये परे इति अर्थः अस्ति इदं सूत्रं सार्वधातुक अर्धधातुकयोः इति सूत्रस्य बाधकसूत्रं सार्वधातुक अर्धधातुकयोः इति सूत्रं बाधितं भवति उतौ वृद्धिर्लुकि हलि इति सूत्रेण अपि च तातङ् प्रसङ्गे अत्र किं ज्ञातव्यं महोदय वदतु
प्रसङ्गे तत्र तातङ्गिति अनेकाल् अस्ति तत्र अनेकाल्चित् सर्वस्य इत्यनेन तत्र न तत्र यतो हि तस्य अनेकाल्चित् सर्वस्य इत्य प्रसक्तिः अस्ति परन्तु तत्र प्रवाद्य निच्च इति सूत्रेण अन्त्यस्य अलस्थाने एव भवति ऊस्थाने एव भवति तात् इति
भवति इति वक्तव्यं वा नो चेत् इतोपि चिन्तनमस्ति वा तत्र अनेकाल्चित् सर्वस्य इति सूत्रम् अत्र कार्यं कर्तुं शक्नोति किन्तु तस्य कृते अपवादसूत्रमस्ति निच्च अस्ति किन्तु अग्रे गत्वा किम् अवगन्तुं शक्नुमः द्वयोर्मध्ये समबलमस्ति द्वयोर्मध्ये विप्रतिषेधः अस्ति इति अपि ज्ञातव्यं तदर्थमेव पूर्वस्मिन् परिच्छेदे लिखितमस्ति परेण बाध्यते इति लिखितमस्ति इत्युक्ते निच्च इति सूत्रं परसूत्रेण बाधितं भवति किमर्थं चेत् अनेकाल्षित सर्वस्य अपि च निच्च इति सूत्रद्वयं सपादसप्ताध्याय्याम् अस्ति अपि च द्वयोर्मध्ये समबलम् अस्ति वदतु
पूर्वपरनित्यान्तरङ्ग उत्तरोत्तरम् उत्तरोत्तरं बलिया इति सूत्रेण परसूत्रं कार्यं करोति
नो चेत् इदं सूत्रद्वयं सपादसप्ताध्याय्याम् अस्ति इति कारणतः द्वयोर्मध्ये विप्रतिषेधः अस्ति अथवा तुल्यबलविरोधः अस्ति इति कारणतः विप्रतिषेधे परं कार्यम् इति सूत्रेण परसूत्रस्य कार्यं भवति अत्र परसूत्रम् अनेकाल्षित सर्वस्य निश्चयितसूत्रं पूर्वसूत्रमस्ति अनेकाल्षित सर्वस्य इति सूत्रं परसूत्रमस्ति परसूत्रेण कार्यं भवति इत्युक्ते सर्वादेशः भवति इति अग्रे गत्वा अवगन्तुं शक्नुमः किन्तु एतावत्पर्यन्तं किम् अवगन्तव्यम् अत्र किं लिखितम् अस्ति तातङ्गित्यत्र नित्वादेशस्य अन्यत् प्रयोजनं वृद्धिनिषेधः भवान् वदतु
तातङ्गित्यत्र नकार इति कृत्वा तत्र नित्वत् भवति अतः गुणवृद्धिनिषेधः भवति अतः तत्र यत् वयं गतकक्षायां पठितवन्तः तत्र यदस्ति अन्य अन्यं प्रयोजनं नास्ति चेदेव तत्र अनेकाल्चित् कार्यं करोति अत्र अन्यप्रयोजनमस्ति तत्र वृद्धिनिषेधः अस्ति अतः एतत् कार्यं न करोति निश्चयति कार्यं करोति
विपरीतरीत्या
उक्तवान्
अस्ति दधि सक्त्यक्ष्णाम् अनङ्गुदात्तः इत्यस्मिन् सूत्रे अन् आदेशस्य एकमेव प्रयोजनम् अस्ति, अन्तादेशः इति एकमेव प्रयोजनम् अस्ति. तत्र अन् आदेशः प्रत्यादेशः नास्ति, इत्युक्ते सुबन्तप्रक्रियायां तत् सूत्रम् आयाति. अस्ति दधि सक्त्यक्ष्णाम् अनङ्गुदात्तः इति सूत्रं सुबन्तप्रक्रियायाम् आयाति, तत्र प्रत्यादेशः नास्ति. अन् इति केवलं प्रातिपदिकस्य अन्ते एव आयाति, प्रत्यादेशः नास्ति इति कारणतः अन्यत् किमपि प्रयोजनं नास्ति नित्वस्य. नित्वस्य एकमेव प्रयोजनम् अन्तादेशः इति प्रयोजनमेव तत्र अस्ति. इत्यतः अस्ति दधि सक्त्यक्ष्णाम् अनङ्गुदात्तः इत्यस्मिन् निच्च इति सूत्रस्य प्राप्तिः भवति, तत्र प्राप्तिः भवति. किन्तु अत्र तातङ्गिति आदेशः अस्ति, तातङ्गादेशः प्रत्ययादेशः, अतः प्रत्ययं निमित्तीकृत्य प्रत्ययम् आश्रित्य अङ्गकार्याणि भवन्ति. वदतु.
तत्र अनेकादेश सर्वस्य इत्यनेन सर्वस्य स्थाने आदेशः भवति.
इतोपि किं ज्ञातव्यम् अत्र? क्निति च सूत्रेण गुणनिषेधः अपि भवति, वृद्धिनिषेधः अपि भवति खलु? अग्रे सत्यभामा भगिनी इदानीं पठतु.
अहम् एकवारं पठितवान् एतत् करपत्रम्. अत्र समरीस् दिस् इस् वेरि नैस्लि समरैस्ड् इन् यथा कश्चन लोकन्याय अग्रे भवति. यथा कश्चन लोकन्याय अस्ति यत् यः बुभुक्षितः तस्य शीघ्रमेव भोजनस्य विषये प्रवृत्तिः भवति. यः तस्मिन्नेव क्षणे खादितवान् उदरं पूरितं, तस्य भोजनविषये प्रवृत्तौ मन्त्रगति आयाति. ऐ थिङ्क् दिस् इस् होल् समरैस्ड् इन् दिस् सेण्टेन्स् दिस्
उत्तमं सारः बहु सम्यक्. अग्रे आयस्यति. नित्वस्य अन्यानि प्रयोजनानि अत्र सन्ति. द्वितीयं प्रयोजनमस्ति वृद्धिनिषेधः. भगिनी भवती पठतु अग्रे.
तृतीय नित्वनिमित्तकं कार्यं सम्प्रसारणम्. अग्रे अस्माभिः बहुत्र सम्प्रसारणकार्यं परिशीलयिष्यते. अधुना केवलं बोध्यं यत् कुत्रचित् यण्सन्धेहे विपरीतत्वेन कार्यं भवति, सम्प्रसारणं भवति. णित्वेन कित्वेन च सम्प्रसारणं भवति, णित्वेन कित्वेन च. यदा गृहधातुतः ता तवतु प्रत्ययः कित्वात् गृह् इति अनेन गृहीतवान्. तथैव वस् धातोः ता तवतु वस् धातोः उस् अनेन उषितवान्. अत्र प्रकृतौ अदादिगणे वस् इत्यपि सम्प्रसारणीयधातुः. वस् योगः तादं त्रङ्गित्वात् सम्प्रसारणं भवति, उष्टात् इति रूपम्. णित्वस्य अन्यं प्रयोजनं णित्वा
भगिनि अन्यत् प्रयोजनम्
अन्यत् प्रयोजनम् उक्तमस्ति. पूर्वं गुणनिषेधः वृद्धिनिषेधः उक्तम्, इदानीं सम्प्रसारणम् इति कार्यम् उक्तम्. सम्प्रसारणं नाम किम् इति चेत् यण्स्थाने इक् आदेशः भवति.
यण्सन्धेः विपरीतं कार्यं यण्सन्धेः प्रसङ्गे सूत्रं किमस्ति?
इको यणचि इति.
इकः स्थाने यण् वर्णादेशः भवति इति तत्र अर्थः अस्ति. यण्सन्धेः विपरीतं कार्यम् इति कथनेन यण्स्थाने इक आदेशः भवति इति तत्र अवगन्तव्यं. सम्प्रसारणकार्यं सम्प्रसारणकार्यं कुत्र भवति?
इदानीं सम्प्रसारणकार्यं कुत्र भवति इति चेत् अत्र इदानीम् एकम् उदाहरणं दत्तमस्ति, सम्प्रसारणं णित्वेन कित्त्वेन च इति. तर्हि अत्र यत्र यत्र णित्वम् अस्ति अथवा कित्त्वम् अस्ति तत्र एव सम्प्रसारणकार्यं भवति.
तत्र निमित्तम् उक्तम् अस्ति, अस्मिन् वाक्ये निमित्तम् उक्तम् अस्ति. इत्युक्ते नित् प्रत्यये परे कित् प्रत्यये परे सम्प्रसारणकार्यं भवितुमर्हति. इतोपि किम् आवश्यकमस्ति? सम्प्रसारणकार्यं सर्वेषां धातूनां प्रसङ्गे न भवति. केचन परिगणिताः धातवः सन्ति, इत्युक्ते सेलेक्टेड् धातवः सन्ति, सम्प्रसारणिनः धातवः इति वदामः. अग्रे एकस्मिन् वाक्ये लिखितमस्ति सम्प्रसारणी धातुः. अत्र ये धातवः उक्ताः ते धातवः सम्प्रसारणिनः, इत्युक्ते तेषां धातूनां प्रसङ्गे सम्प्रसारणकार्यं भवति. इदं कार्यं सर्वेषां धातूनां प्रसङ्गे न भवति. केषाञ्चन परिगणितानां धातूनां प्रसङ्गे एव samprasarane karyam bhavati ichukte there are some selected dhatus in those dhatus only samprasarane karyam bhavati nimittam kim nit pratyah athava kit pratyah atra graha dhatoh udaharanam dattam asti vadatu
ग्रहधातोः उपधायां रेफः अस्ति अयं रेफः यन् वर्णे यन् प्रत्याहारे अन्तर्भूतमस्ति इति कारणात् रेफस्य स्थाने ऋकारादेशः भवति ऋकारः इक् वर्णः तर्हि गृह् इति भवति अत्र कदा भवति इति चेत् ता प्रत्ययः अथवा तवतु प्रत्ययः परे अस्ति चेत् इति अपि उक्तमस्ति
द्वयोः प्रसङ्गे उक्तमस्ति वा नो चेत् तवतु एव लिखितमस्ति वा
ओ क्षम्यतां तावतु प्रत्ययः एव
क्तान्तरूपमपि तादृशरीत्या एव साधयितुं शक्नुमः किन्तु अत्र तवतु प्रसङ्गे एव लिखितमस्ति
प्रत्ययः अपि कित् एव खलु
क्तान्तरूपमपि एवमेव साधयितुं शक्नुमः गृहीतः इति रूपं सिद्ध्यति गृहीतः इति क्तान्तरूपमस्ति गृहीतवान् पुंलिङ्गे तवतु रूपमस्ति गृहीतवान् रूपं साधयतु
गृहीतवान् अत्र गृहधातुयोगः तवद् प्रत्ययः इदानीं रेफस्य स्थाने ऋकारादेशः भवति कृत्वा सूत्रम् इग्यणसम्प्रसारणम्
इति इग्यणः सम्प्रसारणम् इति उक्तवती तत् सूत्रं कीदृशं सूत्रं
तत् संज्ञासूत्रम्
संज्ञासूत्रम् इत्युक्ते तेन सूत्रेण सम्प्रसारणं नाम किम् इति ज्ञायते किन्तु विधिसूत्रं नास्ति अत्र विधिसूत्रं किम् सम्प्रसारणाच्च इति सूत्रं कीदृशं सूत्रं तत् सूत्रं भिन्नं सूत्रमस्ति अत्र विधिसूत्रमस्ति गृहिज्या वै व्यधि वष्टि विचति पृच्छति भृजतीनां निति इति गृहिज्या वै इति एकं सूत्रमस्ति तेन विधिसूत्रेण सम्प्रसारणकार्यं भवति इग्यणः सम्प्रसारणम् इति संज्ञासूत्रमस्ति तेन सूत्रेण सम्प्रसारणं नाम किम् इति ज्ञायते किन्तु सम्प्रसारणाच्च इति किं सूत्रम्
सम्प्रसारणम् अपि भवति इति वा
इग्यणः सम्प्रसारणं जानाति खलु
आं तद् जानाति
ग्रहधातुः कस्मिन् गणे अस्ति
अदादिगणे
न श्ना इति विकरणप्रत्ययः अस्ति क्रयादिगणे क्रियादिभ्यः श्ना इति श्ना इति गणविकरणप्रत्ययः अस्ति इति कारणतः श्ना इति गणविकरणप्रत्ययः शित्वात् सार्वधातुकः किन्तु अपित् प्रत्ययः अपित् सार्वधातुकप्रत्ययः अस्ति अतः अपित् सार्वधातुकप्रत्ययः नित्वत् प्रवर्तते सार्वधातुकम् अपित् इति सूत्रेण अतः तत्रापि सम्प्रसारणकार्यं भूत्वा ग्रह इत्यस्य रूपं गृह भवति ग्रहधातुः सम्प्रसारणी धातुः ग्रहधातोः रेफोत्तरवर्ती अकारः अस्ति ग्रह इत्यत्र रेफोत्तरवर्ती अकारः अस्ति खलु न लौकिकधातोः रूपं ग्रह अस्ति ग्रह इति कथनेन तत्र गकारः रेफः अकारः सम्प्रसारणकार्यं भूत्वा रेफस्य स्थाने ऋकारादेशः भवति किन्तु अकारः कुतः गतः इत्युक्ते सम्प्रसारणाच्च इति सूत्रेण पूर्वरूपादेशः भवति
तदेव अस्य सूत्रस्य कार्यं
सम्प्रसारणाच्च इति सूत्रेण पूर्वरूपादेशः भवति अतः एव ग्रह इत्यस्य रूपं गृह् भवति पश्यतु ग्रह इत्यत्र त्रयः वर्णाः सन्ति गकारः रेपः अकारः त्रयः वर्णाः सन्ति प्रथमतया गृहिज्या वै इति एकं दीर्घं सूत्रमस्ति तेन सूत्रेण सम्प्रसारणकार्यं भूत्वा रेफस्य स्थाने ऋकारादेशः भवति पश्चात् सम्प्रसारणाच्च इति सूत्रेण पूर्वरूपादेशः भूत्वा तस्य रूपं गृह् भवति गृह् इत्यत्र केवलं वर्णद्वयमेव अस्ति गकारः ऋकारः तावदेव अवगतं खलु गृहीतवान् इतोपि चिन्तनमस्ति वदतु
गृहीतवान् ईकारः अपि आदेशः भवति
तत्र किं चिन्तनमस्ति कोऽपि वदतु गृहीतवान् इति रूपम् आयाति अस्माकं विषयः तु सः नास्ति ग्रहधातुः सेट् धातुः सेट् धातुः खलु नीलं भगिनी वक्तुमिच्छति वा
न भगिनी न जानामि
ग्रहधातुः सेट् धातुः सेट् धातुः अस्ति इति कारणतः अर्धधातुकस्य एड्वलादेः नेड् वशीकृति अनयोः सूत्रयोः कारणेन तत्र इडागमकार्यं भवितुमर्हति. किमर्थं चेत् तवतु प्रत्ययः अपि सेट् प्रत्ययः, ग्रहधातुः अपि सेट् धातुः, द्वयोः आनुकूल्यमस्ति इडागमकार्यार्थम्, अतः इडागमः भवति. तत्र किं रूपम् आयाति? आदौ ग्रह इत्यस्य रूपं गृह भवति, तत्र इडागमकार्यम् अस्ति. क्तवतु इत्यत्र अनुबन्धलोपानन्तरं तवत् अवशिष्यते, अपि च इडागमः प्रत्ययस्य इडागमः भवति, अतः इतवत् इति रूपं सिध्यति. गृहयोगः इतवत् इति रूपम् अस्ति. किन्तु तत्र एकम् अन्यत् सूत्रम् आयाति, ग्रहोलिटि दीर्घः इति एकं सूत्रम् आयाति. इत्युक्ते ग्रहधातोः प्रसङ्गे लिट्लकारं विहाय अन्येषु स्थलेषु इकारस्य दीर्घत्वं भवति इति तत्र अर्थः अस्ति. ग्रहोलिटि दीर्घः इति विशेषसूत्रेण इतवत् इत्यस्य रूपम् ईतवत् भवति. गृहयोगः ईतवत्, गृहीतवत् इति रूपं तादृशरीत्या सिध्यति. कानि कानि कार्याणि सन्ति गृहीतवान् इति रूपसाधनवेलायां? तत्र आदौ प्रातिपदिकं साधनीयं. गृहीतवत् इति प्रातिपदिकम् अस्ति, गृहीतवान् इति पुंलिङ्गे रूपम् अस्ति, स्त्रीलिङ्गे गृहीतवती इति रूपम् अस्ति, नपुंसकलिङ्गे गृहीतवत् रूपम् अस्ति. गृहीतवत् इति प्रातिपदिकं कथं साधनीयम् इत्युक्ते अनुबन्धलोपे सति तवत् प्रत्ययस्य तवत् अवशिष्यते. वस्तुतः धातुः ग्रहधातुः, तवत् प्रत्ययः कित् प्रत्ययः अस्ति, कित्वात् सम्प्रसारणं भवति. गृहिज्या वैव्यधि वष्टि विचति पृच्छति भृजतीनां निति, इत्युक्ते तत्र निति इति उक्तम् अस्ति, किति इति पूर्वसूत्रात् अनुवृत्तं भवति. अत्र कित् प्रत्ययः अस्ति, तवत् प्रत्ययः कित् प्रत्ययः अस्ति, कित्वात् सम्प्रसारणं, तदर्थमेव अत्र लिखितमस्ति. सम्प्रसारणं कित्वात् भवति, नित्वात् अपि भवति. तवत् प्रसङ्गे कित्वात् सम्प्रसारणं भवति इति अवगन्तव्यम्. कतवतु इत्यस्य कित्वात् सम्प्रसारणं भूत्वा ग्रह इत्यस्य रूपं गृह भवति. सम्प्रसारणविषये विधिसूत्रं ज्ञातव्यं, संज्ञासूत्रं ज्ञातव्यम्. इज्ञः सम्प्रसारणं ग्रहिज्यावयि इति विधिसूत्रमस्ति, पश्चात् सम्प्रसारणाच्च इति सूत्रेण पूर्वरूपादेशः भवति, तेन गृह इति रूपं सिध्यति. अपि च धातुः सेट्, प्रत्ययः अपि सेट्, अतः इडागमकार्यं भवितुं शक्नोति. प्रत्ययस्य इडागमः भवति, अतः गृहयोगः इतवत् इति रूपं सिध्यति. पश्चात् ग्रहोलिटि दीर्घः इति सूत्रेण इकारस्य दीर्घादेशः भवति. गृहीतवत् इति प्रातिपदिकं तादृशरीत्या सिध्यति. गृहीतवान् अथवा गृहीतवती अथवा गृहीतः इत्यादिषु कित्वात् सम्प्रसारणं, किन्तु अस्माकं प्रकृतिविषयः सः नास्ति. नित्वात् सम्प्रसारणं तस्मिन् प्रसङ्गे ज्ञातव्यं खलु. अत्र आशयः कः इत्युक्ते कित्वादपि सम्प्रसारणं भवति इति अवगन्तुमेव ग्रहधातोः उदाहरणम् अत्र दत्तमस्ति. अग्रिमम् उदाहरणमस्ति वस् धातोः उदाहरणं. सत्यभामा भगिनी, भवती एव वदतु.
वस् धातोः तवतो तवतु प्रत्ययपरे वकारस्य स्थाने उकारादेशः भवति कित्वात्, अतः उस् इति भवति. पश्चात् अत्र षत्वं सकारस्य षकारस्य आदेशः भवति उषितवान् इति, ष्टुत्वं न भवति खलु अत्र.
ष्टुत्वं नास्ति तत्र, विशेषसूत्रेण षत्वं भवति. अन्तिमं रूपं किमस्ति?
उषितवान् इति.
उषितवान् इति रूपम् अस्ति. क्तान्तरूपं किमस्ति?
उषितः, उषित अथवा उषित, उषितः,
उषितः इति रूपम् अस्ति. वस् धातोः प्रसङ्गे उषितवान् इति रूपं साधयितुं कानि कानि कार्याणि सन्ति, वक्तुमिच्छति वा?
अत्रापि अस्य सूत्रस्य प्रसक्तिः अस्ति, गृहिज्या वै वेष्टि विच्छति.
न, सम्प्रसारणकार्यार्थं कानिचन विशेषसूत्राणि सन्ति. ग्रहधातोः प्रसङ्गे ग्रहिज्या वै व्यधि इति सूत्रेण सम्प्रसारणं भवति, किन्तु वस् धातोः प्रसङ्गे एकम् अन्यत् सूत्रम् अस्ति सम्प्रसारणकार्यार्थं, वचिस्वपि यजादीनां किति, वचिस्वपि यजादीनां किति इति सूत्रेण सम्प्रसारणकार्यं भवति. भवती वदतु, सम्प्रसारणाच्च वदतु.
इदानीं वचिस्वपि यजादीनां किति इत्यनेन वस् धातोः किति परे वकारस्य स्थाने उकारादेशः भवति. तर्हि अत्र इदानीं वकारस्य अनन्तरम् आकारः तिष्ठति, अस्य आकारस्यापि पूर्वरूपं भवति सम्प्रसारणाच्च इति सूत्रेण.
उत्तमं, तेन उस् इति रूपं सिद्ध्यति. तवत् रूपं पूर्णतया साधयतु.
उस् योगः तवत् इति अस्ति. अत्र तवत् प्रत्ययः इडनुकूलता वर्तते इति कारणात् इडागमः भवति. अत्र यतोहि कृत् प्रत्यय अपि वस् धातोः अपि इडनुकूलता वर्तते.
वस्तुतः वस् धातुः इडनुकूलधातुः नास्ति, मूलतः वस् धातुः इडनुकूलधातुः नास्ति, अनिट् धातुः एव, सेट् नास्ति. किन्तु एकम् अन्यत् विशेषसूत्रमस्ति तस्मिन् प्रसङ्गे, वसति क्षुधोरिट् इति सूत्रमस्ति. वसति क्षुधोरिट् इत्येन विशेषसूत्रेण त्वाप्रत्ययस्य प्रसङ्गे, निष्ठाप्रत्ययोः प्रसङ्गे इडनुकूलः भवति सः धातुः. इत्युक्ते वस् धातोः प्रसङ्गे विशेषचिन्तनमस्ति, मूलतः अयं धातुः सेट् धातुः नास्ति, अतः एव वस् धातोः तुमन्नन्तं रूपं वस्तुं वस्तुम् इति रूपमस्ति, इडागमः नास्ति. किन्तु केवलं क्त्वाप्रत्ययान्तरूपसाधनवेलायाम् अपि च निष्ठाप्रत्ययः, निष्ठाप्रत्ययः इत्युक्ते क्ताप्रत्ययः निष्ठाप्रत्ययः, क्तवत् प्रत्ययः अपि निष्ठाप्रत्ययः, क्ता क्तवतु अनयोः प्रसङ्गे अपि च क्त्वाप्रत्ययान्तरूपप्रसङ्गे एव वस् धातुः इडनुकूलः भवति, सेट् भवति. तदर्थं सूत्रमस्ति वसति क्षुधोरिट् विशेषसूत्रेण इडागम आनुकूल्यं प्राप्यते. इत्युक्ते अस्माकं चिन्तनम् अत्र क्तवतु प्रत्ययान्तरूपं खलु, अतः इडनुकूलता वर्तते इति चिन्तयित्वा वदतु.
अत्र इदानीं वसति स्थुतोरिट् इत्यनेन अस्य परिगणितधातोः चेटत्वं विधीयते, अतः इदानीम् इडनुकूलता वर्तते. उस् योगः ई योगः तवतु, तर्हि उषित् उषित् इति भवति. भिन्नसूत्रेण सकारस्य षकारः भवति इति कृत्वा उषित उषितवत् इति प्रातिपदिकम्, उषितवान् इति पुल्लिङ्गे, उषितवती इति स्त्रीलिङ्गे, उषितवत् इति वंशकलिङ्गे. उषित्वा इत्यत्र त्वान्तरूपे अपि इकारः श्रूयते खलु?
हा, तदेव वक्तुमिच्छामि. क्त्वान्तरूपं क्तवतु रूपं क्तान्तरूपम् इत्युक्ते एतेषां त्रयाणां प्रसङ्गे एव वस् धातोः विषये इडानुकूलता वर्तते. वसति क्षुधोरिट् वसति क्षुधोरिट् इति सूत्रेण एव सेट्त्वं सम्भवति. वस्तुतः मूले तु अयं धातुः अनिट् धातुः एव, तदर्थमेव वस्तुम् इति रूपं सिद्ध्यति.
निष्ठापरे अपि च त्वापरे
त्रीणि रूपाणि भगिनि, क्तान्तरूपं क्त्वान्तरूपं क्तवत् रूपम्.
निष्ठा इत्युक्ते ता तवत् निष्ठा इति एव, परन्तु अस्मिन् सूत्रे अस्यापि निवेशनमस्ति वा त्वापृचेस्यापि?
अनुवृत्तिसहितसूत्रं वसतेः क्षुधेश्च क्त्वानिष्ठयोः इडागमः भवति. एवं रीत्या क्तान्तरूपं क्तवत् रूपं क्त्वान्तरूपम् इमानि त्रीणि रूपाणि साधयितुं शक्नुमः. क्तान्तरूपम् उषितः, क्तवत् रूपम् उषितवान्, क्त्वान्तरूपम् उषित्वा. अत्र उस् इति रूपम् आयति खलु सम्प्रसारणं भूत्वा, सकारस्य स्थाने षत्वं स्यासि वसि घसीनाञ्च इति सूत्रेण सकारस्य षत्वं भवति. स्यासि वसि घसीनाञ्च इति सूत्रेण सकारस्य षत्वं भवति इति कृत्वा उषितवत् इति प्रातिपदिकं सिद्ध्यति. एतावत्पर्यन्तं क्तवत् रूपाणि वयं साधितवन्तः. ग्रहधातुः क्रयादिगणे अस्ति, अपि च वस् धातुः भुवादिगणे अस्ति इति भाति. वसति इति लटिरूपम् अस्ति. कित्वात् सम्प्रसारणप्रसङ्गे एतावत्पर्यन्तं वयं ज्ञातवन्तः. अत्र क्तवत् प्रत्ययः कित् खलु, कित्वात् सम्प्रसारणं भवति इति अवगतम्. किन्तु अस्माकं प्रकृतिविषयः नित्वं, नित्वात् सम्प्रसारणं कुत्र भवति इति अपि अवगन्तव्यं. तदर्थमेव तृतीयम् उदाहरणं दत्तमस्ति, वश् धातोः उदाहरणं. नीलं भगिनी भवती वदतु तृतीयम् उदाहरणम्.
इदानीं तातं योजयामः चेत् तत्र यथा भवती उक्तवती तत्र वश् वश् भवति, विशिष्टसूत्रेण सकारस्य षकारादेशः भवति, सो वश् योग तातङ्ग् अस्ति चेत् इदानीं तु कित्वं नास्ति परन्तु नित्वम् अस्ति सो नित्वात् सम्प्रसारणम् अतः सम्प्रसारणम् इत्युक्ते अत्र यः वकारः तस्य उकारादेशः भवति अनन्तरं तत्र पूर्वरूपसन्धि भूत्वा तत्र उष् उष् भवति अत्र शकारस्य यः मूर्धन्य आदेशः
अत्र प्रकृतौ इति किमर्थं लिखितं
कुत्र लिखितं भगिनि
अत्र प्रकृतौ इति लिखितम्
इत्युक्ते अस्माकं विषयः तु नित्वम् अस्ति तातङ्ग् इति नित्वं यः अस्ति सो प्रकृतौ अत्र अदादिगणे वश् इत्यपि सम्प्रसारणी दातु अतः यदा वयं तातङ्ग् योजयामः तत्रापि नित्वस्य प्रयोजनम् अस्ति सम्प्रसारणम् अतः नित्वकारणेन प्रत्यये नित्वम् अस्ति चेत् सम्प्रसारणकारणं सम्प्रसारकार्यं भवति वश् सम्प्रसारणी धातु अस्ति अतः अत्र नित्वकारणेन वश् धातुः सम्प्रसारणं भवति इति
उत्तमं प्रकृतौ इत्युक्ते अस्माकं प्रकृतविषयः नित्वम् अस्ति तस्मात् पूर्वं कित्वात् सम्प्रसारणं भवति इति अपि लिखितवन्तः अस्माकं ज्ञानार्थं कित्वात् सम्प्रसारणं भवति इति पूर्वस्मिन् उदाहरणे इत्युक्ते ग्रहधातोः गृहीतवान् रूपसाधनवेलायाम् अपि च वस् धातुतः उषितवान् इति पदस्य रूपसाधनवेलायां कित्वात् सम्प्रसारणं भवति किन्तु अदादिगणीय वश् धातोः प्रसङ्गे नित्वात् सम्प्रसारणं भवति इति अवगन्तव्यम् वश् धातुः सम्प्रसारणी धातुः धातुः अदादिगणे अस्ति अदादिगणे शपः लुक् भवति लोट्लकारप्रसङ्गे उष्टातीत् रूपं साधनीयं भगिनी पुनः एकवारं स्मारयतु उष्टातीत् रूपं कथं साधनीयम्
प्रश्ने अत्र वश् योग तातङ्ग् अस्ति अतः धातुः सम्प्रसारणी धातु अतः तत्र विशिष्टसूत्रेण नित् नित् प्रत्यये परे तत्र वश् धातुः सम्प्रसारणं भवति अतः तत्र वकारस्य उकारादेशः भवति
यदा वयम् अदादिगणीयधातूनां प्रसङ्गे पठिष्यामः तदा तत् सूत्रम् आयाति अत्र वश् धातोः प्रसङ्गे अपि ग्रहिज्या वै व्यधि वष्टि विचति वृश्चति पृच्छति भृज्यतीनां निति च इति सूत्रेण तत्र निमित्तमस्ति निति इति निमित्तम् अस्ति ग्रहिज्या वै इत्यस्मिन् सूत्रे निमित्तं निति इति उक्तम् अस्ति तेन सम्प्रसारणविधायकसूत्रेण वश् धातोः प्रसङ्गे सम्प्रसारणं भूत्वा वकारस्य स्थाने उकारादेशः भवति पश्चात् सम्प्रसारणाच्च इति सूत्रेण वकारोत्तरवर्ति अकारः अस्ति खलु उकार अकारयोः स्थाने पूर्वरूपादेशः भवति इत्यतः केवलम् उकारः एव तिष्ठति इत्युक्ते तत्र केवलं वकारस्य स्थाने एव उकारादेशः भवति सम्प्रसारणकार्येण वकारोत्तरवर्ति अकारः अपि अस्ति तत्र सम्प्रसारणाच्च इति सूत्रेण पूर्वरूपादेशः भूत्वा उष् भवति वस्तुतः वश् इति धातुः तालव्यशकारान्तधातुः अस्ति तालव्यशकारान्तधातुः अस्ति चेत् तत्र एकं विशिष्टं सूत्रम् आयाति व्रश्च भ्रश्च सृज मृज यजराज भ्राज छशां शः इति सूत्रमस्ति छशाम् इति उक्तमस्ति इत्युक्ते तत् सूत्रं तालव्यशकारान्तधातूनां प्रसङ्गे कार्यं करोति व्रश्च भ्रश्च सृज मृज यज राज भ्राज झषां षः इति सूत्रेण तालव्यशकारस्य स्थाने मूर्धन्यशकारादेशः भवति वदतु
आम् अनन्तरं तत्र तत्र ष्टुत्वसन्धि भूत्वा उष्टात् इति भवति तत्र नित्वस्य सम्प्रसारणप्रयोजनं न तु तत्र अन्तादेशः नित्वस्य अत्र तृतीयप्रयोजनम् अस्ति सम्प्रसारणम् अतः तत्र अनेकाश्चित् सर्वस्य इत्यनेन एव सर्वादेशः न तु अन्तादेशः अतः तृतीयप्रयोजनं तातङ्गविषये सम्प्रसारकार्यं सम्प्रसारणं कार्यम्
उत्तमं नित्वात् सम्प्रसारणं भवति इति अवगन्तुं शक्नुमः अनेन उदाहरणेन नित्वात् सम्प्रसारणं भवति इति अवगन्तुम् अदादिगणीय वश् धातोः उदाहरणम् अत्र दत्तमस्ति तातङ्गरूपम् उष्टात् अस्ति किन्तु लोट्लकार प्रथमपुरुषे एकवचनरूपं वष्टु अस्ति एकं रूपं वष्टु अन्यत् रूपम् उष्टात् वष्टु वदतु
वष् धातुः तत्र तिप् प्रत्ययः योजयामः अनन्तरं तत्र ऐरुः इत्यनेन इकारस्य उकारादेशः सो तु इति तत्र प्रत्ययः अपि च तत्र इदानीं तत्र नित्वं नास्ति कित्वं नास्ति अतः तत्र सम्प्रसारणं न भवति वश् एव सो वश् योग शकारान् धातु अस्ति अतः सृज बृज राज तत् दीर्घसूत्रेण तत्र मूर्धन्य आदेशः भूत्वा वश् शकार मूर्धन्यशकारः आयाति अनन्तरं ष्टुत्वसन्धि भूत्वा वष्टु इति भवति
बहु सम्यक् तत्र वष्टु इति एकं रूपम् अस्ति लोट्लकार प्रथमपुरुष एकवचनरूपं वष्टु अस्ति अन्यत् रूपं तातङ्ग्रूपम् उष्टात् अस्ति उष्टात् इत्यत्र तातङ्प्रत्यये नित्वम् अस्ति इति कारणतः तत्र नित्वात् सम्प्रसारणं भूत्वा उष्टात् इति रूपं सिद्ध्यति वष्टु इत्यत्र तु इति सिद्धप्रत्ययः अस्ति भगिनी सर्वम् उक्तवती सम्यक् उक्तवती तु इति सिद्धप्रत्ययः अस्ति वस्तुतः धातुः वश् अस्ति वश् इति तालव्यशकारान्तधातुः अतः व्रश्च भ्रश्च सृज मृज यज राज भ्राज झषां शः इति सूत्रेण तालव्यशकारस्य स्थाने षत्वं भवति तेन वश् इति भवति वश् योगः तु इति स्थितिः अस्ति मूर्धन्यषकारस्य प्रभावेण दन्त्यतकारस्य स्थाने मूर्धन्यटकारादेशः भवति तकारस्य स्थाने टकारादेशः भवति तदेव स्टुत्वसन्धिः ष्टुनाष्टुः इति सूत्रेण ष्टुत्वसन्धिकार्यं भूत्वा तकारस्य स्थाने टकारादेशः भवति तेन वष्टु इति रूपं सिद्ध्यति इत्युक्ते तत्र चित्वं नास्ति नित्वमपि नास्ति सार्वधातुक अपित् प्रत्ययः नित्वत् प्रवर्तते इति अन्यः विषयः किन्तु अत्र तातङ्ग् इत्यस्मिन् साक्षात् नित्वम् अस्ति नित्वात् सम्प्रसारणम् वचिस्वपि यजादीनां किति इति एकं सम्प्रसारणविधायकसूत्रमस्ति गृहिज्या वै व्यधि इति अन्यत् सम्प्रसारणविधायकसूत्रमपि अस्ति वश् धातोः प्रसङ्गे गृहिज्या वै व्यधि वष्टि विचति वृश्चति पृच्छति भृजतीनां निति च इति सूत्रेण सम्प्रसारणकार्यं भूत्वा उष्टात् इति रूपं सिद्ध्यति सम्प्रसारणप्रसङ्गे ज्ञातव्यानि सूत्राणि कानि इत्युक्ते ईग्यणः सम्प्रसारणं तत् सूत्रं संज्ञासूत्रं सम्प्रसारणाच्च इति अन्यत् सूत्रमस्ति तेन सूत्रेण किं भवति इत्युक्ते सम्प्रसारणसंज्ञकात् वर्णात् अचीपरे पूर्वपरयोः स्थाने पूर्वरूपम् एकादेशः भवति
एतत् सूत्रं सन्धिप्रकरणे अस्ति वा
सम्प्रसारणे सम्प्रसारणं
महोदय वदतु न सम्प्रसारणे सम्प्रसारणं
यदि तत्र प्रसक्ति भवति वर्णद्वयमस्ति सम्प्रसारणसंज्ञकवर्ण तत्र प्रथमवर्णात् परे द्वितीयमपि सम्प्रसारणवर्ण अस्ति चेत् प्रथमवर्णस्य सम्प्रसारणकार्यं न भवति सम्प्रसारणवर्णपरे प्रथमवर्णस्य सम्प्रसारणं न भवति सम्प्रसारणे सम्प्रसारणं द्वितीयवर्णस्य एव सम्प्रसारणं भवति
इत्युक्ते एकवारं सम्प्रसारणकार्यम् अभवत् इति चेत् इति अस्ति
न न तथा नास्ति महोदय वदतु
न नास्ति तत्र सम्प्रसारणवर्णद्वयमस्ति चेत् तत्र प्रथमवर्णस्य सम्प्रसारणं न भवति न सम्प्रसारणे सम्प्रसारणमिति सूत्रेण इत्युक्ते सम्प्रसारणवर्ण सम्प्रसारणे इत्युक्ते सप्तमी अस्ति सम्प्रसारणवर्णपरे अस्ति चेत् प्रथमसम्प्रसारणवर्णस्य सम्प्रसारणं न भवति इति वदति सूत्रम्
उत्तमं तत् सूत्रमपि आयास्यति इग्यणः सम्प्रसारणं सम्प्रसारणाच्च न सम्प्रसारणे सम्प्रसारणं
बहु मुख्य अस्ति सम्प्रसारणविषये त्रीणि सूत्राणि इग्यणसम्प्रसारणं सम्प्रसारणाच्च न सम्प्रसारणे सम्प्रसारणम्
उत्तमम् अपि च विधिसूत्राणि सन्ति के सम्प्रसारणिनः धातवः सन्ति चेत् तत् सूत्रं कार्यं करोति इत्यपि विधिसूत्रेषु केषां केषां धातूनां प्रसङ्गे तत् सूत्रं कार्यं करोति तेन सम्प्रसारणकार्यं विधीयते इति अवगन्तुं विधिसूत्राणि अपि सन्ति इत्युक्ते वचिस्वपि यजादीनां किति गृहिज्या वयि तादृशानि सूत्राणि अपि सन्ति
व्यद्धिति उदाहरणमस्ति व्यद्धिति व्यद् वकार अस्ति यकार अस्ति अनन्तरं तत्र वकार यकार द्वयमपि सम्प्रसारणवर्णः अतः तत्र यकारस्य एव सम्प्रसारणं भवति वकारस्य न भवति यकारस्य सम्प्रसारणं भूत्वा इकारः भवति विद् इति भवति
उत्तमम्
इत्युक्ते अत्र वर्णद्वयोः अपि सम्प्रसारणं भवितुम् अर्हति अस्ति चेदपि परवर्णस्य एव भवति इति
अर्थः वा भवति
बहु सम्यक् इदानीं नीलं भगिनी भवती वदतु वश् धातोः ल्युडन्त् रूपं किमस्ति
ल्युट् कुर्मः चेत् तत्र लकार टकारस्य संज्ञा अस्ति अपि च तत्र योर्नाको इत्यनेन यु स्थाने अन इति आदेशः भवति सो अन इति अत्र कित्वं नास्ति नित्वं नास्ति अतः सम्प्रसारणं न भवति अपि च अत्र इडागमः इडानुकूलः तु नास्ति वष्टातुः षट् पानीत्वा परन्तु अत्र तु प्रत्ययः एव इडानुकूलः नास्ति अतः तत्र आगमः न भवति सो वश् योगः तत्र यः मूर्धन्य आदेशः भवति तस्य कृते निमित्तं किं भगिनि
मूर्धन्य आदेशः तत्र न भवति
हलादिप्रत्ययः भवति वा मूर्धन्य आदेशः तत्र निमित्तं किम् अस्ति
झलिपरे
झलिपरे अस्ति चेत् अत्र तु न भवति इत्युक्ते तत्र अतः तत्र वश् एव तालव्ये एव अस्ति
तत्र अन आदेशः भवति खलु अकारः झल् नास्ति खलु
आमाम् अतः वशनम् इति अस्ति वशनम्
भवती सम्यक् उक्तवती भगिनी ल्युडन्तप्रसङ्गे कित् नास्ति नित् नास्ति इति कारणतः सम्प्रसारणकार्यं न भवति वश् धातुतः वशनम् इति रूपमेव सिद्ध्यति किन्तु क्तान्तरूपम् उषितः क्तावत् रूपम् उषितवान् शत्रन्तरूपं पश्यामश्चेत् तत्र किं भवति शत्रन्तरूपं
शत्रन्तरूपं पश्यामः चेत् तत्र वश् धातुः अडादिगणे अस्ति शप् लुक् भवति अपि च तत्र इदानीं तत्र शत्रुप्रत्ययः
सार्वधातुकः अपित् प्रत्ययः
अपित् प्रत्ययः अतः तत्र सम्प्रसारणं भवितुं शक्नोति भवति
इत्युक्ते शत्रुप्रत्ययः सार्वधातुकप्रत्ययः अपित् प्रत्ययः अस्ति अत् इति अवशिष्यते खलु तत्र सार्वधातुक अपित् प्रत्ययः नित्वत् प्रवर्तते सार्वधातुकम् अपित् इति सूत्रेण खलु
आमां भगिनि
अतः उषत् उषत् इति प्रातिपदिकं सिद्ध्यति उषन् इति रूपं सिद्ध्यति इत्युक्ते शत्रन्तरूपसाधनवेलायाम् अपि सम्प्रसारणं भवति क्ता क्तवतु रूपयोः प्रसङ्गे कित्वात् सम्प्रसारणं किन्तु शत्रन्तरूपसाधनवेलायाम् अपित्वात् किमर्थं चेत् सार्वधातुक अपित् प्रत्ययः नित्वत् प्रवर्तते इत्यतः नित्वात् सम्प्रसारणं भवति शत्रन्तरूपसाधनवेलायाम् अतः शत्रन्तरूपम् उषन्
तथैव लट्लकारे अस्ति लट्लकारे तिप् सिप् मिप् विषये सम्प्रसारणं न भवति परन्तु अन्येषां कृते तु सम्प्रसारणं भवति वष्टु वष्टः इति भवति वष्टः द्विवचने
द्विवचने उष्टः
उष्टः सोरि उष्टः आं तत्र सम्प्रसारणं भवति अपि कारणेन
लटि रूपाणि पश्यामः वष् धातोः लट्लकारे प्रथमपुरुषे एकवचनरूपं वष्टि वदतु
आं तत्र वष्टि इत्युक्ते तत्र प्रत्ययः तिप् अस्ति पित्वम् अस्ति अतः कित्नित् नास्ति अतः वश् एव तिष्ठति अनन्तरं वृश्च वृष मृज इत्यनेन तत्र मूर्धन्य आदेशः भूत्वा ष्टुत्वसन्धि भूत्वा वष्टि भवति परन्तु यदा वयं तस् योजयामः तस् प्रत्ययः सार्वधातु अपित् प्रत्ययः अतः तत्र निद्वम् अध्यारोपिते अतः तत्र सम्प्रसारणम् अपि भवति वश् धातुः सम्प्रसारणी धातु अतः तत्र सम्प्रसारणं भूत्वा तत्र उष् भवति उष् भवति चेत् अनन्तरं सन्धिकार्यं भूत्वा तत्र उष्टः इति भवति सिप् विषये अपि सम्प्रसारणं न भवति मिप् विषये अपि सम्प्रसारणं न भवति
ये ये प्रत्ययाः सार्वधातुक अपित् प्रत्ययाः तेषां प्रसङ्गे सार्वधातुकम् अपित् इति सूत्रेण नित्वम् अध्यारोप्यते तेन सार्वधातुक अपित् प्रत्ययेषु नित्वात् सम्प्रसारणं भूत्वा रूपाणि सिद्ध्यन्ति वदतु
तदेव अस्ति अतः तत्र नित्वस्य यः सम्प्रसारण प्रयोजनम् अस्ति प्रत्ययेषु नित्वस्य सम्प्रसारणं प्रयोजनम् अस्ति तातङ्गविषये अपि तद् तत् प्रयोजनम् अस्ति अतः तत्र तातङ्गविषये तत्र अन्यानि प्रयोजनानि सन्ति अतः तत्र अन्तादेशः न भवति परन्तु सर्वादेशः भवति सो सम्प्रसारणम् अस्ति अन्यत् प्रयोजनं तातङ्गविषये
उत्तमं लट् लोट् लङ् विधिलिङ् एतेषां चतुर्णां प्रसङ्गे तत्र सार्वधातुकम् अपित् इति अतिदेशसूत्रेण नित्वम् अध्यारोप्यते इति कारणतः नित्वम् अध्यारोपितं भवति सार्वधातुक अपित् प्रत्ययेषु. इत्युक्ते सार्वधातुकप्रक्रियायां लट् लोट् लङ् विधिलिङ् चतुर्शलकारेषु सार्वधातुक अपित् प्रत्ययेषु नित्वम् अध्यारोप्यते, किन्तु तातङ्ग् प्रसङ्गे साक्षात् नित्वम् अस्ति, साक्षात् नित्वात् सम्प्रसारणं भवति. वश् धातोः प्रसङ्गे क्तवति इत्यत्र खित्वात्, उष्टातीति अस्माकं रूपम् अस्ति, उष्टातीत् रूपसाधनवेलायां तत्र साक्षात् नित्वात् सम्प्रसारणम् इति वक्तव्यम् अस्ति. अस्तु अग्रे सरेम
भगिनि, अत्र उष्टात् इत्यत्र शकारः कथं भवति?
व्रश्च भ्रश्च सुज मृज यज राज भ्राज झषां शः, तकारः झल् वर्ण चलीपरे तत् कार्यं भवति.
अत्र वश् स्थाने भवति इति अर्थः वा? परिगणितधातुषु मध्ये व्रश्च इत्यत्र
शकारान्त.
धन्यवादः.
तत्र बहुवचने तत्र न भवति, अन्ति इति प्रत्ययः, अन्ति जलादि नास्ति, अतः तत्र उष् एव अस्ति, तत्र मूर्धन्यादेशः न भवति तत्र.
उत्तमम्. पुनः एकवारं स्मारयतु भगिनि, नीलं भगिनि, उष्टात् इत्यत्र
उष्टात् इति यः रूपम् अस्ति तत्र यः तातङ्ग् इति प्रत्ययः, तातङ्ग् प्रत्ययः नित् अस्ति, नित् अस्ति, अपि च वश् धातुः सम्प्रसारिणी धातु, अतः प्रत्यये नित्वम् अस्ति, अतः तेन कारणेन अत्र सम्प्रसारणकार्यं भवति. वकारस्य स्थाने उकार आदेशः भवति, अनन्तरं सम्प्रसारणात् च इत्यनेन तत्र पूर्वरूप आदेशः, अतः उष् इति भवति. अपि च शकारस्य मूर्धन्य आदेशः भवति, किमर्थं चेत् परे जलादिप्रत्ययः अस्ति, तातङ्ग् इति जलादि अस्ति, अतः तत्र अनन्तरं तत्र सन्धिकार्यं भूत्वा उष्टात् इति भवति.
बहु सम्यक्, उत्तमम्. वश् धातोः उदाहरणं किमर्थं दत्तम् इत्युक्ते नित्वात् सम्प्रसारणं भवति, उष्टात् इति रूपसाधनवेलायां तातङ्ग् इत्यस्मिन् नित्वम् अस्ति, नित्वात् सम्प्रसारणं. वदतु.
तातङ्ग् विषये अकारः उच्चारणार्थं वा अत्र?
तत्र त्रयः वर्णाः सन्ति, तातङ्ग् इत्यत्र ञकारः इति संज्ञकः हलन्त्यं सूत्रेण अपगच्छति, तकारोत्तरवर्ती अकारः उच्चारणार्थः, अतः सः वर्णः अपि अपगच्छति. अन्ततो गत्वा निरनुबन्धप्रत्ययः तात् हलादिप्रत्ययः. अग्रे किं दत्तं सुन्दरमहोदय, भवान् पठतु.
चतुर्थप्रयोजनम् ईट् आगमः, ईट् आगमनिषेधः. चतुर्थप्रयोजनम् ईट् आगमनिषेधः, ब्रू ब्रू ईट् इत्यनेन ब्रू धातुतः हलादि पित् प्रत्ययस्य ईट् आगमः भवति. यथा ब्रू योगे टिप्, तत्र ब्रू योगे ति, ब्रू योगे ईट्, ईट् इति आगमः भवति, तदनन्तरं ति, ब्रू योगे ईट् योगे ति, सो ब्रू योगे ईति, तदनन्तरं ब्रो ब्रो योगे ईति, तत्र ब्रू ब्रो भवति, तदनन्तरं ब्रो योगे ईति, तदनन्तरं ब्र इब्र योगे अव् योगे ईति, ब्रवीति इति भवति. तत्र गुणादेशः भवति किल?
आदौ पठतु पश्चात् विवृणोतु.
ओके ओके. तातङ्ग् अपि तातङ्ग् अपि हलादिः, अपि च तु स्थाने आयाति इति कृत्वा पित्वं विधीयते. तातङ्ग् अपि हलादिः अपि च तु स्थाने आयाति इति कृत्वा पित्वं विधीयते, किन्तु ङित्वात् पित्वं न मन्यते. ङित्वात् पित्वं न मन्यते प्रामाण्येन महाभाष्ये वाक्यमस्ति ङिच्च पिन्न पित् न ओके ङिच्च पिन्न पिच्च ङिन्न. तस्मात् अत्र पित्व अभावेन ब्रुव् योगे ईट् इत्यस्य प्रसक्तिः नास्ति. ङित्वात् अत्र गुणनिषेधः अपि अस्ति. ब्रू योगे तात् ब्रूतात् ब्रूयोगे तात् ब्रूतात् इति भवति अन्तिमं रूपम्. ओके, अत्र चतुर्थं प्रयोजनम् ईट् आगमनिषेधः.
चतुर्थं प्रयोजनं चतुर्थप्रयोजनं, द्वयोर्मध्ये भेदः कः?
चतुर्थं प्रति प्रयोजनं चतुर्थप्रयोजनम् इत्युक्ते समासः अस्ति तत्र. चतुर्थप्रयोजनं चतुर्थं च तत् प्रयोजनं च चतुर्थप्रयोजनं तदेव.
ईट् आगमनिषेधः इति उक्तमस्ति. अत्र ईट् आगमः प्रत्ययस्य आगमः अदादिगणीय ब्रू धातोः प्रसङ्गे अत्र उक्तमस्ति. वदतु.
प्रत्ययस्य ईट् ईट् आगमः भवति तस्य निषेधः. अत्र अदादिगणे ब्रुव् धातुः अदादिगणे अस्ति इति कारणतः ब्रुव् ईट् इत्यनेन सूत्रेण ब्रू धातुतः हलादि पित् प्रत्ययस्य ईट् आगमः भवति.
एकवारं सूत्रं समीचीनतया पठतु.
सूत्रम् ओके. ब्रुव ईट्
वदतु.
ब्रुव ईट् इत्युक्ते ब्रुवः ईट् इति पठनीयं. ब्रुव ईट् इत्यनेन सूत्रेण ब्रू धातुतः हलादि पित् प्रत्ययस्य ईट् आगमः भवति.
ब्रवीति इति रूपं साधयतु. ब्रवीति
ब्रू धातुतः हलादि पृत् प्रत्ययस्य ईट् आगमः भवति. अत्र प्रत्ययः यदि हलादिः आदौ हल् वर्णः अस्ति एवं पित् प्रत्ययः अस्ति चेत् तस्य स्थाने ईट् इति प्रत्ययः आगमः भवति. तत्र ब्रूयोगे टिप् इति स्थितौ तत्र पकारस्य हलन्त्यम् इति सूत्रेण इत्संज्ञा भूत्वा लोपः भवति. ब्रूयोगे ति इति भवति. तदनन्तरं ब्रूयोगे तस्य स्थाने ईट् आगमः भवति.
किं वक्तव्यं? तिप् इति प्रत्ययः हलादिपित् प्रत्ययः अस्ति.
तिप् इति प्रत्ययः हलादिपित् प्रत्ययः इति कारणात् पकारः इत्संज्ञा भूत्वा लोपः भवति इति कारणेन सः तिप् प्रत्ययः पित् अस्ति. तदनन्तरं आदौ हल् वर्णः अस्ति इति कारणतः तकारः हल् वर्णः इति कारणतः हलादिप्रत्ययः अस्ति इति कारणतः तिप् प्रत्ययः हलादि पित् प्रत्ययः अस्ति इति कारणतः ब्रूयोगे ईट् इति आगमः भवति. हलादिपित् प्रत्ययः तिप् अस्ति इति कारणतः तिप् स्थाने अत्र ईट् इति आगमः भवति. तदनन्तरं ब्रूयोगे ईट् योगे ति इति भवति. तदनन्तरं ब्रूयोगे ईति टकारस्य इत्संज्ञा भूत्वा लोपः हलन्त्यम् इति सूत्रेण टकारस्य इत्संज्ञा भूत्वा लोपः भवति. ई एव अवशिष्यते. ब्रूयोगे ईति इति भवति.
प्रत्ययस्य आदौ आयाति इत्युक्ते ईट् आगमः प्रत्ययस्य आगमः. आगमः इति किमर्थं वदामः इत्युक्ते नूतनतया ईकारः आगतः. अत्र मित्रवत् आगमः नूतनतया ईकारः अत्र आगतः. अयम् आगमः प्रत्ययस्य आगमः. अतः एव ब्रूयोगः ईति इति लिखितम् अस्ति. इदानीं वदतु, प्रत्ययं निमित्तीकृत्य किं कार्यं भवति?
ईति इति प्रत्ययं निमित्तीकृत्य ईति इति प्रत्ययः आर्धधातुकप्रत्ययः किल?
न, अत्र तिप् इति प्रत्ययः सार्वधातुकः एव. तिप् प्रत्ययं निमित्तीकृत्य अङ्गकार्यं ब्रू इति धातुपि अङ्गे कार्यं भवति. वदतु.
तिप् प्रत्ययं निमित्तीकृत्य अङ्गकार्यं भवति. तिप् प्रत्ययः सार्वधातुकप्रत्ययः एवं पित् अपि अस्ति. सार्वधातुक पित् प्रत्ययः इति कारणतः तत्र गुणः भवति. अङ्गकार्यं भवति, अङ्गे गुणः भवति इति कारणतः सार्वधातुक अर्धधातुकयोः इति सूत्रेण तत्र उकारः उकारः अस्ति खलु इगन्तधातुः अस्ति ब्रूधातुः इगन्तधातुः अस्ति ईक्वर्णः अन्ते ईक्वर्णः अस्ति इगन्तधातुः अस्ति इति कारणतः सार्वधातुक आर्धधातुकयोः इति सूत्रेण तिप् प्रत्ययः सार्वधातुक पित् प्रत्ययः अस्ति इति कारणतः पित् प्रत्ययः अस्ति इति कारणतः सार्वधातुक आर्धधातुकयोः इति सूत्रेण इगन्तस्य अङ्गस्य गुणः भवति ब्रूधातुतः ब्रूधातोः उकारस्य उकारस्य गुणः भवति
महोदय ऊकारस्य
ऊकारस्य ब्रूधातोः ऊकारस्य अन्तिम ऊकारस्य गुणः भवति गुणः भूत्वा ब्रो भवति ब्रो योगे ईति इति स्थितिः भवति तदनन्तरं सन्धिकार्यं सन्धिकार्यं भूत्वा ब्रव् भवति
सन्धिसूत्रं वदतु एचोयवायावः
एचोयवायावः इति सन्धिसूत्रेण ब्रू ब्रो ब्रव् भवति ब्र योगे अव् योगे ईति
तत्र केवलम् ओकारस्य स्थाने एव औ आदेशः भवति एचोयवायावः इत्यस्मिन् सन्धिसूत्रे पूर्वपरयोः इति नियमः नास्ति केवलम् ओकारस्य स्थाने एव औ आदेशः भवति इत्यतः ब्र योगः औ योगः ईति इति रूपम् आगतम् इत्युक्ते केवलम् ओकारस्य स्थाने एव औ आदेशः भवति यान्तवान्तादेशसन्धिः भूत्वा एचोयवायावः इति सन्धिसूत्रेण कार्यं भवति वदतु
सो केवलम् ओकारस्य स्थाने औ इति औ इति आदेशः भवति औ सो ब्र योगे औ योगे इति वर्णमेलनेन ब्रवीति इति अन्तिमं रूपं सिद्ध्यति
ब्रवीतु इति वदतु
ब्रवीतु इति एरुः इति सूत्रेण इकारस्य इकारस्य स्थाने उकारादेशो भवति तदनन्तरं ब्रवीतु इति रूपं सिद्ध्यति लोट्लकारे
उत्तमम् इत्युक्ते लोट्लकारे प्रथमपुरुषे एकवचनरूपं ब्रवीतु तत्र सिद्धप्रत्ययः तु अस्ति लट्लकारे सिद्धप्रत्ययः ति अस्ति किन्तु लोट्लकारे सिद्धप्रत्ययः तु अस्ति
सूत्रेण
ब्रवीतु इति रूपं साधितवान् ब्रूतात् तद्वदतु
ब्रूतात् इति तत्र तातं हलादिः अस्ति तातं हलादिप्रत्ययः अस्ति अपि च तु इत्यस्य स्थाने आयाति पित्वं विधीयते तत्र पित्वं विधीयते इति कारणतः तत्र तात् इति ब्रू योगे तात् तत् ङित्वात् पित्वं विधीयते परन्तु ङित् आदेशः इति कारणतः पित्वं न मन्यते ङित्वात् ङित् प्रत्ययः अस्ति तातङ् प्रत्ययः ङित् प्रत्ययः अस्ति इति कारणात् ङित्वात् पित्वं न मन्यते किमर्थं न मन्यते प्रामाण्येन महाभाष्ये वाक्यमस्ति ङिच्च पित् न पिच्च ङित् न इति महाभाष्यस्य वाक्यम् तद्वाक्येन पित्वं न मन्यते अत्र ङित्वात् पित्वं न मन्यते
लोट्लकारे प्रथमपुरुष एकवचने ब्रवीतु एकं रूपमस्ति ब्रूतात् इति अन्यत् रूपमस्ति तु प्रत्ययस्य स्थाने विकल्पेन तातङ्गादेशः भवति तातङ्गादेशः भवति चेत् ब्रूतात् इति रूपं सिद्ध्यति तत्र ईट् आगमनिषेधः किमर्थं भवति अत्र ब्रुव ईट् इति सूत्रस्य कार्यं किमर्थं नास्ति
तत्र हालादिपित्तस्य एव ईट् आगमः भवति अत्र तातङ् इति हलादिप्रत्ययः अस्ति परन्तु पित् प्रत्ययः नास्ति इति कारणतः पित् प्रत्ययः नास्ति इति कारणतः तत्र ईट् आगमः न भवति न भवितुम् अर्हति ईट् आगमः कथं भवति हलादि पित् प्रत्ययस्य कृते एव ईट् इति आगमः भवति परन्तु तातङ् प्रत्ययः हलादि तु अस्ति परन्तु पित् प्रत्ययः नास्ति इति कारणतः तत्र ईट् आगमः आगन्तुं न अर्हति तस्मात् तस्मिन् तातङ्ग् तातङ्ग् इत्यस्य ईट् आगमः न भवति
ब्रू धातुतः लोट् लकारे तातङ्ग् रूपसाधनवेलायां ब्रुव ईट् इति सूत्रस्य प्रसक्तिः नास्ति तत्र ईट् आगमनिषेधः भवति अपि च गुणकार्यस्य निषेधः अपि अपेक्षितः तत्र पश्यतु ब्रवीति इत्यत्र सार्वधातुक अर्धधातुकयोः इत्यनेन गुणकार्यं भवति किन्तु ब्रूतात् इत्यत्र गुणनिषेधः अपेक्षितः
किमर्थं चेत् ङिति ङिति च इति सूत्रेण तत्र ङित् ङित् प्रत्ययः तातङ्ग् आदेशः ङित् प्रत्ययः अस्ति इति कारणतः ङिति च इति सूत्रेण गुणनिषेधः भवति तस्मात् तत्र गुणः भवितुं नार्हति तत्र ब्रूधातोः
ब्रूतात् इति रूपसाधनवेलायां गुणनिषेधः आवश्यकः अपि च ईटागमनिषेधः अपि भवति
आम् ईटागमस्य निषेधः एवं गुणस्य अपि निषेधः निषेधद्वयमपि अपित्वात् एव भवति इति अत्र तदनन्तरं ओके तु स्थाने अपि च तु स्थाने पित्वं विधीयते तु स्थाने आयाति इति कारणतः इति कृत्वा पित्वम् अपि विधीयते परन्तु तत् सोरि परन्तु ङित्वात् पित्वं न मन्यते तातङ्ग् इत्यस्य किमर्थं चेत् तत्र प्रामाण्य महाभाष्ये वाक्यमस्ति ङिच्च पित् न परन्तु पित् च ङित् न
सर्वं सम्यक् एव प्रामाण्यं प्रामाण्यम् इति कीदृशं
प्रमाणस्य भावः प्रामाण्यं श्यन् प्रत्ययः विधीयते तत्र
तद्धितान्तं
श्यन् प्रत्ययः विधीयते प्रमाणस्य भावः प्रामाण्यं प्लस् ते योग्यत्वेन प्रामाण्येन इति पदं सिद्ध्यति
उत्तमम् एतावत्पर्यन्तं तातङ्ग् इत्यस्मिन् आदेशे णित्वस्य चत्वारि प्रयोजनानि सन्ति इति अवगतवन्तः णित्वस्य यत्र यत्र बहूनि प्रयोजनानि सन्ति तत्र णिच्चसूत्रस्य प्राप्तिर्न भवति णित्वस्य कृते अन्तादेशः इति एकमेव प्रयोजनं यत्र अन्तादेशः इति विशिष्टं प्रयोजनं यत्र अस्ति तत्र एव णिच्चसूत्रस्य प्राप्तिर्भवति तातङ्ग् इत्यस्मिन् प्रसङ्गे णित्वस्य बहूनि प्रयोजनानि उक्तानि अतः णिच्चसूत्रस्य प्राप्तिः न भवति इत्युक्ते णिच्चसूत्रस्य साहाय्येन अन्तादेशः न भवति अतः अनेकाल्षित सर्वस्य इति सूत्रेण सर्वादेशः एव भवति इति सारांशः साधु महोदय
भगिनी मम एकः प्रश्नः पृच्छति वा इदानीम् अत्र ब्रुव ईट् इत्यनेन ईकार इति आगमः भवति खलु अयम् आगमः प्रत्ययस्य अवयवरूपेण वर्तते वा तदपि सार्वधातुकम् इति संज्ञा अस्यापि भवति वा ईटि इत्यत्र
भवति इति प्रत्ययः सार्वधातुकप्रत्ययः प्रत्ययस्य ईट् आगमः
अतः अस्यापि तादृशसंज्ञा भवति
इडागमः कथं भवति इडागमः अपि प्रत्ययस्य आगमः तव तु प्रत्ययान्तरूपं साधयितुमिच्छामश्चेत् गृहीतवान् अथवा उषितवान् इत्यादिषु इडागमः भवति किन्तु अत्र ईट् आगमः भवति किन्तु गृहीतवान् अथवा उषितवान् इत्यादिषु इट् आगमः भवति तत्रापि आगमः प्रत्ययस्य आगमः अत्रापि ईट् आगमः प्रत्ययस्य आगमः अतः एव ब्रूयोगः ईति इति लिखितमस्ति मनीषा भगिनी पठितुमिच्छति चेत् साधु
गुणवृद्धि प्रतिषेध तथा आरभ्य न
तस्मात् पूर्वम् एकं वक्तव्यमस्ति तातङ्ग् इति प्रत्ययः अस्ति इत्युक्ते अहं पूर्वम् उक्तवती स्थानिवदादेशो अनल्विधौ इति सूत्रेण तातङ्ग् इत्यस्मिन् प्रत्ययत्वं सिद्ध्यति तातङ्ग् आदेशः तस्मिन् आदेशे प्रत्ययत्वम् अस्ति प्रत्ययत्वम् अस्ति इति कारणतः तातङ्ग् इति प्रत्ययं निमित्तीकृत्य तातङ्ग् इति प्रत्ययम् आश्रित्य सर्वाणि अङ्गकार्याणि भवन्ति तत्र धातुरूपी अङ्गे अङ्गकार्याणि भवन्ति किन्तु अस्ति दधि शक्त्यक्ष्णाम् अनङ्गुदात्तः तस्मिन् सूत्रे अनङ्गादेशः भवति, अनङ्गादेशः प्रत्ययादेशः नास्ति. अनङ्गादेशः केवलं प्रातिपदिकस्य अन्ते आयाति, इत्युक्ते प्रत्ययादेशः नास्ति इति कारणतः प्रत्ययम् आश्रित्य अङ्गकार्याणि इति स्थितिः तत्र नास्ति. अस्ति दधि सक्त्यक्ष्णाम् अनङ्ग उदात्तः इत्यस्मिन् सूत्रे अनङ्गादेशः भवति, अपि च सः आदेशः प्रातिपदिकस्य अन्ते आयाति, तत्र अन्यानि कार्याणि अथवा अन्यानि प्रयोजनानि न सन्ति. नित्वादेशस्य अन्यानि प्रयोजनानि तत्र न सन्ति, किन्तु तातङ्गप्रसङ्गे प्रत्ययत्वम् अस्ति इति कारणतः प्रत्ययम् आश्रित्य गुणनिषेधः, वृद्धिनिषेधः, सम्प्रसारणम्, ईटागमनिषेधः इत्यादीनि अङ्गकार्याणि भवन्ति. तातङ्ग इत्यस्मिन् आदेशे प्रत्ययत्वम् अस्ति इति कारणतः तत्र बहूनि प्रयोजनानि सन्ति. इत्युक्ते प्रत्येकं परिस्थितिः भिन्ना अस्ति, प्रत्येकस्मिन् सन्दर्भे चिन्तनं भिन्नम् अस्ति. प्रत्येकस्मिन् सन्दर्भे नित्वस्य कीदृशानि प्रयोजनानि सन्ति इति तत्र द्रष्टव्यमस्ति. तातङ्ग इत्यस्मिन् अनन्यार्थनित्वं नास्ति, इत्युक्ते अन्यानि प्रयोजनानि तत्र सन्ति इति कारणतः निच्च इति सूत्रं कार्यं न करोति. इतोपि किं वक्तव्यं? तातङ्ग इत्यस्मिन् आदेशे एकस्मिन् स्थले अनेकाल्षित सर्वस्य निच्च इति सूत्रद्वयमपि एकत्र आयाति. अनेकाल्षित सर्वस्य सूत्रस्य कृते अपवादसूत्रमस्ति निच्च, किन्तु निच्च इति सूत्रम् अपवादसूत्रम् इति वक्तुं शक्यते वा इति चिन्तयामश्चेत्, अपवादः इति कदा वदामः इत्युक्ते अपवादसूत्रस्य कृते कार्यक्षेत्रम् अन्यत्र नास्ति चेदेव अपवादसूत्रम् इति वदामः, किन्तु निश्चयितसूत्रस्य कृते अन्यत्र अन्यत्र लब्धावकाशः अस्ति. इत्युक्ते यत्र यत्र नित्वस्य एकमेव प्रयोजनम् अस्ति, यत्र यत्र नित्वस्य एकमेव प्रयोजनम् अन्तादेशः इति एकमेव प्रयोजनम् अस्ति, तादृशेषु सन्दर्भेषु निच्चसूत्राणि कार्यं भवितुं शक्नोति. उदाहरणार्थम् अचिष्णुधातुभ्रुवाम युवोरियङ्गुवङ्गौ इत्यस्मिन् सूत्रे तत्र अन्तादेशः इति एकमेव प्रयोजनमस्ति. एवमेव अन्यत् एकं सूत्रमस्ति ऋङ्क्षयग्लिङ्क्षु, ऋङ्गादेशः भवति ऋङ् इति कथनेन तत्र नित्वम् अस्ति, तत्रापि अन्तादेशः इति एकमेव प्रयोजनमस्ति. यत्र यत्र नित्वस्य एकमेव प्रयोजनम् अन्तादेशः इति एकमेव प्रयोजनमस्ति, तादृशेषु सन्दर्भेषु निच्च इति सूत्रस्य प्राप्तिः भवति. अतः निच्च इति सूत्रम् अपवादसूत्रं नास्ति, इत्युक्ते अत्र अनेकाल्षित सर्वस्य निच्च अनयोः मध्ये समबलमस्ति, तुल्यबलमस्ति, द्वयोर्मध्ये तुल्यबलविरोधः अस्ति, तुल्यबलविरोधः अस्ति. अपि च एतत् सूत्रद्वयं सपादसप्ताध्याय्याम् अस्ति इति कारणतः विप्रतिषेधे परं कार्यम् इति सूत्रेण परसूत्रं बलवत् भवति. अत्र परसूत्रम् अनेकाल्षित सर्वस्य, निच्च इति सूत्रं पूर्वसूत्रमस्ति. अतः निच्च इति सूत्रम् अनेकाल्षित सर्वस्य सूत्रेण बाधितं भवति, अतः परसूत्रेण कार्यं भवति. अनेकाल्षित सर्वस्य सूत्रेण सर्वादेशः एव भवति इति सारांशः. अग्रे तदेव
वक्तुं शक्यते वा? निच्च इति सूत्रं कुत्रचित् अपवादसूत्रमेव कार्यं करोति, कुत्रचित् यत्र अन्यत् प्रयोजनम् अस्ति, प्रयोजनानि सन्ति, तत्र अपवादसूत्रेण सूत्रम् इव कार्यं कर्तुं न शक्यते. शक्यते तादृशं वक्तुं शक्यते वा?
तथा भवति. तातङ्प्रसङ्गे तु निच्चसूत्रस्य प्राप्तिः किमर्थं न भवति इति अग्रिमेषु परिच्छेदेषु स्पष्टतया उक्तम् अस्ति, किन्तु सारांशम् उक्तवती. इदानीं मनीषा भगिनी भवती पठतु.
गुणवृद्धिप्रतिषेध सम्प्रसारणाद्यर्थतया सम्भवत् प्रयोजनङ्कारे तातङ्गी मन्थरं प्रवृत्तः परेण बाध्यते. गुणवृद्धिप्रतिषेध सम्प्रसारणाद्यर्थतया अत्र गुणवृद्धिनिषेधः सम्प्रसारण आद्यर्थता तया तातङ्गी नीत्वस्य विभिन्नानि प्रयोजनानि सन्ति, तेषां प्रभावेन अग्रे उच्यते किं भवति. सम्भवत् प्रयोजनङ्कारे तातङ्गी मन्थरं प्रवृत्तः. सम्भवत् प्रयोजनङ्कारे इत्युक्तौ यस्य गकारस्य सम्भवितप्रयोजनानि विभिन्नप्रयोजनानि अनङ्गादेशे णित्वस्य अनन्यप्रयोजनं न विद्यते अन्यत् प्रयोजनं यस्य तदनन्यप्रयोजनम् तातङ् आदेशस्य णित्वस्य विभिन्नप्रयोजनानि सम्भवन्ति प्रयोजनानि अन्यान्यापि यस्य सः सम्भवत् प्रयोजनः तादृशङ्कारयुक्तादेशे तातङ्गी णिच् इति सूत्रं प्रति शिथिलता मन्थरगतिः आयाति. अहं बहु न वक्तुं शक्नोमि आचार्ये, अहं बहु अस्य विषये बहु न जानामि, अद्य एव अहं श्रुतवती.
अस्तु, नरसिंह हेग्डे महोदय भवान् किञ्चित् वदतु, एकमेकं वाक्यं स्वीकृत्य वदतु.
गुणवृद्धिप्रतिषेधसम्प्रसारण ध्यर्थयतया सम्भवत्वप्रयोजन नकारे तातङ्गी मन्त्रं प्रवृत्त परेण बाध्यते. एतत् एकवार्तिकमस्ति. गुणवृद्धिप्रतिषेधसम्प्रसारणाध्यर्थतया अत्र गुणवृद्धिनिषेधसम्प्रसारण आद्यर्थतया तातङ्गी णित्वस्य विभिन्नानि प्रयोजनानि सन्ति, तेषां प्रभावेन अग्रे उच्यते किं भवति. सम्भवत्वप्रयोजनङ्कारे तातङ्गी मन्त्रं प्रवृत्तः. सम्भवत्प्रयोजनङ्कारे इत्युक्तौ यस्य अकारस्य सम्भावितप्रयोजनानि विभिन्नप्रयोजनानि अनङ्गादेशे णित्वस्य अनन्यप्रयोजनं न विद्यते अन्यप्रयोजनं यस्य तदनन्यप्रयोजनं तातङ्गादेशस्य णित्वस्य विभिन्नप्रयोजनानि सम्भवति प्रयोजनानि अनन्यानि यस्य सः सम्भवत्वप्रयोजनः. तादृशङ्कारयुक्तादेशे तातङ्गी णिच् इति सूत्रं प्रति शिथिलया मन्त्रगति आयाति. इत्युक्ते अत्र
समस्तपदमस्ति खलु, तृतीयान्तं समस्तपदमस्ति, प्रथमान्तं पदं किमस्ति? गुणवृद्धिप्रतिषेधसम्प्रसारणाद्यर्थतया. गुणवृद्धिप्रतिषेधसम्प्रसारणादि अर्थतया
अर्थं वा?
गुणनिषेधः, वृद्धिनिषेधः, सम्प्रसारणम् इत्यादयः अर्थाः सन्ति इति कारणतः. सुन्दरमहोदय वदतु, प्रथमं समस्तपदं किं वदति?
समस्तपदं किं वदति? गुणवृद्धिप्रतिषेधः, गुणप्रतिषेधः, वृद्धिप्रतिषेधः, सम्प्रसारणम् आदि अर्थतया इत्युक्ते गुणप्रतिषेधः, वृद्धिप्रतिषेधः, सम्प्रसारणम् आदि इत्यादि अर्थतया.
प्रथमान्तं पदं किमस्ति? समस्तपदस्य प्रथमान्तं रूपं वदतु.
गुणः, गुणश्च, वृद्धिश्च.
अत्र प्रथमान्तं पदम् इत्युक्ते गुणवृद्धिप्रतिषेधसम्प्रसारणाद्यर्थता.
ओके, अर्थता प्लस् तया, तदपि पदितवन्तं पदमस्ति.
इदं पदं समस्तपदमस्ति. समस्तपदम् इत्युक्ते बहूनि लघुपदानि अत्र योजितानि. गुणवृद्धिनिषेधः, सम्प्रसारणादि अर्थता. अर्थता इति कथनेन प्रयोजनम् इति अर्थः अस्ति. गुणनिषेधः, वृद्धिनिषेधः, अपि च सम्प्रसारणादि इत्यादीनि प्रयोजनानि अस्मिन् नकारे सन्ति इति अर्थः अस्ति. सम्भवत् प्रयोजननकारे इति दत्तमस्ति. सम्भवत् प्रयोजननकारे इत्यत्र सप्तमी विभक्तिरूपम् अस्ति. प्रथमान्तं किम् अस्ति?
प्रथमान्तं सम्भवत् प्रयोजनङ्गकारः इति प्रथमान्तम्.
अग्रे गत्वा समस्तपदस्य विग्रहवाक्यानि दत्तानि. सम्भवत् प्रयोजनः नकारः, सम्भवत् प्रयोजननकारः इति अस्ति. मन्थरम् इति कथनेन?
मन्थरम् इत्युक्ते किञ्चित् मन्दम् इति अर्थः अस्ति
स्लो स्लो भवति स्लो मन्त्रम्
इत्युक्ते इट्स् नाट् स्ट्राङ्ग् एनफ्
मन्दमेव मन्दं मन्दं भवति इति अर्थः
भगिनी
वदतु
शिथिलता इति लिखितमस्ति उत्तमं शिथिलता इति कथनेन तत्र तीव्रता नास्ति तस्य प्राबल्यं नास्ति तस्य शक्तिः नास्ति इदं सूत्रं तत्र शक्तिहीनं भवति वदतु महोदय
किं सूत्रं शिथिलं भवति इत्युक्ते निच्च इति सूत्रं शिथिलं भवति एतानि अन्यप्रयोजनानि सन्ति चेत् निच्च इति
सूत्रेण बाध्यते मन्थरं भवति इति कारणतः परेण सूत्रेण बाध्यते इति लिखितम्
अत्र परसूत्रं किम् अस्ति
परसूत्रं अग्रे एव लिखितं किल
परसूत्रं किमस्ति परेण बाध्यते इति उक्तवान् अत्र परसूत्रमस्ति अनेकाल्षित् सर्वस्य
अनेकाल्षित् सर्वस्य इति परसूत्रेण बाध्यते
अन्ततो गत्वा अस्मिन् वाक्ये सारांशः उक्तः इत्युक्ते निच्चसूत्रस्य प्राप्तिः किमर्थं न भवति अनेकाल्षित् सर्वस्य सूत्रस्य कार्यं भवति इत्युक्ते तातङ्ग् इत्यत्र सर्वादेशः एव भवति किमर्थम् इति प्रश्नस्य उत्तरम् अस्मिन् वाक्ये दत्तमस्ति अग्रे वदतु
अग्रे गुणवृद्धिप्रतिषेधसम्प्रसारण आदि अर्थतया अर्थतया अत्र अत्र गुणवृद्धिनिषेधः सम्प्रसारण आदि अर्थता तया योग्य तदेव लिखितम् अस्ति अत्र तया तातङ्गी ङित्वस्य विभिन्नानि प्रयोजनानि सन्ति तेषां प्रभावेन तातङ्गी इत्युक्ते तातङ्प्रत्यये ङित्वस्य कारणात् ङित्वस्य कारणात् विभिन्नानि प्रयोजनानि सन्ति तेषां प्रभावेन इत्युक्ते तेषां प्रभावेन अग्रे उच्यते किं भवति तेषां बहूनि प्रयोजनानि अस्ति किल सन्ति किल तेषां प्रभावेण तेषां प्रयोजनानां प्रभावेण अग्रे किं भवति इति उच्यते सम्भवत् प्रयोजनकारे तातङ्गी मन्थरं प्रवृत्तः इत्युक्ते सम्भवत् प्रयोजनेन ङकारे इत्युक्ते ङित्वा अस्ति किल तत्र ङकारः अस्ति किल
महोदय अत्र सम्भवत् प्रयोजनः अथवा सम्भवत् प्रयोजननकारः इति समस्तपदमस्ति चेत् तस्य विग्रहवाक्यम् अग्रिमे वाक्ये लिखितमस्ति सम्भवत् प्रयोजननकारः अग्रे पठित्वा वदतु
सम्भवत् प्रयोजनङकारे इत्युक्तौ यस्य ङकारस्य सम्भावितप्रयोजनानि विभिन्नप्रयोजनानि अस्ति तादृशं प्रयोजनानि
सम्भवत् प्रयोजनन्यकारः इति वदामि चेत् तत्र विग्रहवाक्यं कथं वक्तव्यम्
सम्भवत् प्रयोजनः सम्भवत् प्रयोजनानि तयोः तेषां ङकारः योगे तस्मिन् इति सम्भवत् प्रयोजनङकारः योगे तस्मिन् सम्भवत् प्रयोजनङकारे इति
न सम्भवत् प्रयोजननकारः इति वदामि चेत् यस्य नकारस्य सम्भावितप्रयोजनानि सन्ति सम्भावितप्रयोजनानि इति कथनेन विभिन्नप्रयोजनानि यस्य नकारस्य विभिन्नप्रयोजनानि सन्ति सः नकारः सम्भवत् प्रयोजननकारः इति समस्तपदमस्ति तस्य विग्रहवाक्यं यस्य नकारस्य सम्भावितप्रयोजनानि सन्ति अथवा विभिन्नप्रयोजनानि सन्ति यस्य नकारस्य सः नकारः
तादृशनकारः तस्मिन्
तत्र सम्भावितप्रयोजनम् इत्युक्ते यत् वयं दृष्टवन्तः चतुष्टयं तत्र प्रथमं वृद्धि गुण सम्प्रसारणम् अनन्तरम् ईट्
आगमनिषेधप्रयोजनानि
हेग्डे महोदय भवान् वदतु अग्रिमं वाक्यं स्वीकृत्य वदतु
गुणवृद्धिप्रतिषेध सम्प्रसारणाद्यर्थतया अत्र गुणवृद्धिनिषेधः सम्प्रसारण आद्यर्थता तया इति अर्थः
सम्भवत् प्रयोजननकारे तस्मात् आरभ्य पठित्वा वदतु
सम्भवत् प्रयोजननकारे तातङ्गी मन्त्रं प्रवृत्तः सम्भवत्प्रयोजनकारे इत्युक्तौ यस्य नकारस्य सम्भावितप्रयोजनानि विभिन्नप्रयोजनानि अनङ्गादेशे नित्तस्य अनन्यप्रयोजनम् अत्र सम्भावितप्रयोजन किं किम् इति वयं पठितवन्तः पूर्वं वृद्धिनिषेध गुणनिषेध सम्प्रसारणं मीटागमनिषेध तादृशविभिन्नप्रयोजनानि अस्ति चेत् तत्र तातङ्गी मन्त्रं प्रवृत्तः भवति तातङ्गी इत्युक्ते तत्र नित्वस्य मन्त्रं प्रवृत्तः भवति
अनङ्गादेशस्य प्रसङ्गे किं चिन्तनम्
अनङ्गादेशे अपि तत्र अन्यत् किमपि तत्र नास्ति प्रयोजनं केवलं तत्र
अन्तादेशः
अन्तादेश एव अतः तत्र नित्वं कार्यं करोति तत्र
तदर्थमेव इदं वाक्यं लिखितमस्ति अनङ्गादेशे नित्वस्य अनन्यप्रयोजनमस्ति
अहम् एकम् उदाहरणं ददामि एकं मेङ्गो ट्री अस्ति चेत् फ्रूट्स् आर् हेङ्गिङ्ग् सो वाट् विल् डू विल् फस्ट् लो हेङ्गिङ्ग् फ्रूट्स् विल् प्लक् देन् नेचुरली वन्स् यु गाट् इन् अ फ्रूट्स् टाप् फ्रूट्स् विल् लूस् इण्ट्रेस्ट् लैक् दट् ओन्लि दिस् सिचुवेशन् इस् डिफरेण्ट् फ्रूट्स् आर् देर् फस्ट् विल् बि using it then nitcha will lose interest in nitcha sutra
uttam nitvasya ananya prayojanam asti anangadeshe nait samasah asti chat ananya prayojanam iti padam siddhyati ananya prayojanam tasya vigraha vakyam kim dattam agre dattam asti na vidyate anyat prayojanam yasya
na vidyate anya prayojanam yasya tadananya prayojanam
अस्ति दधि सक्त्यक्ष्णाम् अनङ्ग उदात्तः इत्यस्मिन् सूत्रे अनङ्गादेशः भवति तस्मिन् सूत्रे अनङ्गादेशे अनङ्ग इत्यत्र नित्वम् अस्ति तत्र अन्यत् प्रयोजनं नास्ति अनन्यार्थनित्वम् अस्ति अनन्यप्रयोजनमस्ति इत्युक्ते अन्यत् प्रयोजनं नास्ति अन्तादेशः इति एकमेव प्रयोजनमस्ति अनङ्गादेशस्य प्रसङ्गे तदर्थम् अत्र समस्तपदम् अनन्यप्रयोजनम् इति दत्तमस्ति अनन्यप्रयोजनम् इत्यस्य विग्रहवाक्यं न विद्यते अन्यत् प्रयोजनं यस्य तत्र बहुव्रीहि समासः अस्ति किन्तु तातङ्गप्रसङ्गे किं दत्तं
तातङ्गादेशस्य नित्वस्य विभिन्नप्रयोजनानि सम्भवन्ति प्रयोजनानि अन्यान्यपि यस्य स सम्भवत् प्रयोजनः
महोदय अत्र मुद्रणदोषः अस्ति इति मम अवगमनमस्ति अन्यानि अपि
अन्यान्यपि दीर्घं नास्ति अन्यान्यपि
अन्यानि अपि इदानीं सन्धिकार्यं कृत्वा वदतु
अन्यानि अपि अन्यान्यपि
तत् अत्र वक्तव्यं खलु अत्र सम्भवत् प्रयोजनः इति समस्तपदस्य विग्रहवाक्यं दत्तमस्ति वदतु
सम्भवति प्रयोजनानि सम्भवत् प्रयोजन सम्भवति प्रयोजनानि अनन्यान्यपि यस्य स सम्भवत् प्रयोजनः
सम्भवत्प्रयोजनः इति बहुव्रीहि समासयुक्तं पदं सम्भवत्प्रयोजनः कः ण्यकारः ण्यकारः सम्भवत्प्रयोजनः इत्युक्ते बहुव्रीहि समासयुक्तानि पदानि अन्यपदस्य विशेषणानि भवन्ति ण्यकारः सम्भवत्प्रयोजनः सम्भवत्प्रयोजनः इति समस्तपदमस्ति तस्य विग्रहवाक्यं सम्भवन्ति प्रयोजनानि अन्यानि अपि यस्य सः अग्रे किं दत्तं
तादृशयुक्त तादेशे तातङ्गी निश्च इति सूत्रं प्रति शिथिलता मन्त्रगति आयाति तादृशकारयुक्तादेशे तातङ्गी निश्च इति सूत्रं प्रति शिथिलता मन्त्रगति आयाति इत्युक्ते यत्र अन्यप्रयोजनानि सन्ति तत्र निश्च इति सूत्रं प्रति शिथिलता आगच्छति
तादृशन्यकारयुक्तादेशे तातङ्गी अनयोर्मध्ये विशेषणविशेष्यभावः अस्ति तादृशन्यकारयुक्त आदेशे तातङ्गी विशेषणविशेष्यभावः अस्ति इत्युक्ते यत्र यत्र तादृशन्यकारः अस्ति तादृशन्यकारः इत्युक्ते यत्र यत्र नित्वस्य बहूनि प्रयोजनानि सन्ति यथा तातङ्ग् तेषु सन्दर्भेषु निश्चयित् सूत्रं प्रति शिथिलता वर्तते इत्युक्ते निश्चयित् सूत्रस्य तीव्रता नास्ति तादृशेषु सन्दर्भेषु तेषु सन्दर्भेषु निश्चयित् सूत्रस्य प्राबल्यं नास्ति भवान् वदतु इतोपि
अग्रे पठामि वा पठित्वा वदामि वा
पठतु
इहो इहो सर्गापवादयोरपि समबलत्वात् अत्र उत्सर्गस्य अपवादस्य च समबलं भवति अनेन तातङ्गी नित्वस्य निच्च इति सूत्रं प्रति अपवादबलं न निर्वहति तस्मात् निच्च इति अपवादभूतं सूत्रं परेण बाध्यते सामानसूत्रेण बाध्यते इह उत्सर्ग अपवादयोरपि समबलत्वात् अत्र अपवादानन्तरं उत्सर्गसूत्रमध्ये समबलम् अस्ति चेत् अत्र उत्सर्गस्य अपवादस्य च समबलं भवति
महोदय अत्र उत्सर्गसूत्रं किम् अपवादसूत्रं किम्
उत्सर्गसूत्रमिति अनेकानि सर्वस्य अपवादसूत्रमिति निच्च इति
द्वयोर्मध्ये समबलम् अस्ति इति कथं वक्तुं शक्यते
तेन तेषाम् अन्यत्र अन्यत्र लब्धावकाशः अस्ति निच्च इत्यस्य अपि अनन्तरम् अनेकाञ्चित् सर्वस्य इत्यस्य अपि
अनेकाञ्चित् सर्वस्य कृते अन्यत्र लब्धावकाशः अस्ति इति कथं ज्ञायते अस्मिन् करपत्रे एव उपरितने भागे लिखितमस्ति तत्र ज्ञाजनोर्जा इति सूत्रमस्ति खलु
ज्ञादातोः स्थाने जन् इति आदेशः भवति जन् इति
अनेकालादेशः
अनेकालादेशः अस्ति तत् तत्सूत्रस्य कार्यं भवति अतः अन्यत्र लब्धावकाशः अस्ति अनेकालिसर्वस्य इत्यस्य
निच्चसूत्रस्य कृते
बहुत्र भवति तत् निच्चसूत्रस्य कृते
अचिष्णुधातु ब्रुवां युवरियङ्गु
वङ्गौ अचिष्णुधातु ब्रुवां युवरियङ्गौ स्थाने ओङ् इति आदेशः भवति तत्र
अपि च निच्चसूत्रस्य कृते अन्यत्र लब्धावकाशः अस्ति दधि सक्त्यक्ष्णाम् अनङ्गुदात्तः इत्यस्मिन् सूत्रे अपि निच्चसूत्रस्य कार्यं भवितुं शक्नोति इत्युक्ते तत्र अन्तादेशः इति एकमेव प्रयोजनम् अस्ति इत्युक्ते निच्चसूत्रस्य कृते अन्यत्र अवकाशः अस्ति कार्यं कर्तुम् अनेकाल्षित सर्वस्य सूत्रस्य कृते अपि अन्यत्र लब्धावकाशः अस्ति किन्तु एतत् सूत्रद्वयं तातङ्गप्रसङ्गे एकत्र आगत्य कार्यं कर्तुम् उद्युक्तं भवति अतः द्वयोर्मध्ये तुल्यबलविरोधः अस्ति द्वयोर्मध्ये तुल्यं बलम् अस्ति तुल्यबलविरोधः अस्ति अत्र इहोत्सर्ग अपवादयोरपि समबलत्वात् इति उक्तमस्ति तत्र सन्धिकार्याणि वदतु
इह उत्सर्ग गुणसन्धि उत्सर्ग अपवाद सवर्णदीर्घसन्धि अपवादयोः अपि तत्र विसर्गसन्धि
विसर्गसन्धि भाटसूत्रं वदामि इचः परस्य विसर्जनीयस्य रेफः अखरी इति एकं सूत्रमस्ति भाटसूत्रम् इचः परस्य विसर्जनीयस्य रेफः अखरी इति सूत्रं तेन सूत्रेण रेफादेशः भवति किन्तु विसर्गसन्धिसूत्राणि भिन्नानि अत्र रेफादेशः भवति इह उत्सर्ग अपवादयोः अपि समबलत्वात् भवान् वदतु अग्रे
अत्र उत्सर्गस्य अपवादस्य च समबलं भवति अनेन तातङ्गी नित्वस्य निच्च इति सूत्रं प्रति अपवादबलं न निर्वहति यतोहि निच्च इति अपवादसूत्रमस्ति तस्य तातङ्गी नित्वस्य निच्च इति सूत्रं प्रति अपवादबलं न निर्वहति अत्र तस्मात् निच्च इति अपवादसूत्रं परेण बाध्यते सामान्यसूत्रेण बाध्यते यतोहि तत्र समबलम् अस्ति परन्तु तत्र एतत् अपवादबलं न निर्वहति अत्र अपवादबलं कार्यं न करोति इति अस्ति
द्वयोर्मध्ये समबलम् अस्ति चेत् इत्युक्ते द्वयोर्मध्ये तुल्यबलविरोधः अस्ति चेत् किं कर्तव्यं
सप्तसप्ताध्यायं पूर्वपर नित्यान्तरङ्ग अपवादानाम् उत्तरोत्तरबलि इति सूत्रेण परसूत्रं कार्यं करोति तत्र विपरिचयेन परं कार्यम् इति सूत्रेण तत्र परसूत्रं कार्यं करोति
अत्र परसूत्रं किम्
अत्र अनेकाल्षित् सर्वस्य
अनेकाल्षित् सर्वस्य इति परसूत्रमस्ति निच्च इति सूत्रं पूर्वसूत्रमस्ति अपि च अत्र निच्च इति सूत्रस्य अपवादबलं पूरितं न भवति इति अनेकाल्षित सर्वस्य इति उत्सर्गसूत्रेण एव कार्यं भवति यद्यपि निच्च इति सूत्रम् अनेकाल्षित सर्वस्य कृते अपवादसूत्रम् इति वदामः तथापि अस्मिन् सन्दर्भे अनयोः द्वयोः सूत्रयोः समबलमस्ति समबलत्वात् विप्रतिषेधे परं कार्यम् इति सूत्रेण परसूत्रं बलवत् भूत्वा परसूत्रेण कार्यं भवति अत्र परसूत्रम् अनेकाल्षित सर्वस्य इतोपि किञ्चित् लिखितम् अस्ति किन्तु समयाभावात् अत्र स्थगनीयं भवति नीलं भगिनी भवती वदतु सारांशः
अत्र भगिनी तातङ्गविषये तत्र यदा तत्र तातङ्गप्रसङ्गः आयाति तातङ्ग् प्रसङ्गे तत्र नित्वस्य अन्यानि प्रयोजनानि सम्भवत् प्रयोजनानि सन्ति, अतः केवलं निच्च इति सूत्रस्य अत्र निच्च इति सूत्रस्य अनेकाश्चित् सर्वस्य सूत्रस्य कृते यः निच्च अपवादम् अस्ति तत् अत्र न सञ्जातः, अतः अत्र अत्र अनेकाश्चित् सर्वस्य इत्यनेन एव कार्यं, न तु निच्च इति सूत्रेण कार्यं। किमर्थं चेत् अत्र प्रत्ययः नित्वम् अस्ति, तस्य कृते अन्यानि प्रयोजनानि सन्ति, न तु अन्तादेशः, अतः तत्र सम्पूर्ण तु अपि च हि स्थाने तत्र तातङ्ग् इति आदेशः भवति।
बहु सम्यक्। इतोपि किञ्चित् अग्रे दत्तमस्ति, तस्मिन् प्रसङ्गे अग्रिमे सप्ताहे चर्चा भविष्यति। इदानीम् अत्र स्थगयामः। सर्वेषां धन्यवादाः।